सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अस्माकं प्रवर्तमानः विषयः कृत् प्रत्ययाः अपि सार्वधातुकाः अर्थधातुकाश्च. अयं विषयः समाप्यमानः अस्ति. गते वर्गे आर्धधातुककृदन्तानां चिन्तनम् आरब्धमासीत्. आर्धधातुकप्रक्रियायाम् आर्धधातुकतिङन्तरूपेषु कृदन्तरूपेषु समानं चिन्तनं भवति, प्रक्रिया समाना वर्तते इति सारांशः. एतस्य अवगमनार्थं गते वर्गे वयं णौल् प्रत्ययान्तरूपाणि, अनियर् प्रत्ययान्तरूपाणि, णिच् प्रत्ययान्तरूपाणि साधितवन्तः. रूपाणां पठनेन किम् अवगम्यते इत्युक्ते प्रक्रिया तत्र समाना अस्ति तिङन्तरूपेषु कृदन्तरूपेषु आर्धधातुकप्रक्रियायाम्. एते त्रयः प्रत्ययाः अर्धधातुककृत् प्रत्ययाः, अतः तेषां रूपसाधनवेलायां कर्तरीषप् न आयाति. कर्तरीषप् सूत्रस्य कृते निमित्तं किं? धातोः परं कर्त्रार्थकप्रत्ययः सार्वधातुकप्रत्ययः. कर्तरर्थकसार्वधातुकप्रत्ययः स्यात् तदानीम् एव कर्तरीषप् आयाति. किन्तु णौल् प्रसङ्गे पश्यामश्चेत् णौल् प्रत्ययः सार्वधातुकः नास्ति, तिङ्क्षित् नास्ति, अतः आर्धधातुकः. तिङ् नास्ति इत्यतः कृत् प्रत्ययः भवति. णौल् प्रत्ययः कर्त्रार्थकप्रत्ययः, कर्त्रार्थकः एव, सार्वधातुकः नास्ति खलु, अतः आर्धधातुकः. अर्धधातुकप्रक्रिया अनुसरणीया, अतः शप् न आयाति. अनियर् प्रसङ्गे अपि तादृशं चिन्तनमेव भवति. अनियर् प्रत्ययः अपि सार्वधातुकः नास्ति, आर्धधातुकः. अनियर् प्रत्ययः कर्मार्थकप्रत्ययः, कर्तृर्धकः नास्ति. अनियर् प्रत्ययः आर्धधातुकः, कर्मार्थकप्रत्ययः, अतः आर्धधातुकप्रक्रियाम् अनुसृत्य रूपसिद्धिः करणीया. अनियर् प्रत्ययः अपि तिङ् नास्ति इत्यतः कृत् प्रत्ययः भवति. अतः अनियर् रूपसाधनवेलायाम् अपि शप् विकरणप्रत्ययः न आयाति. अपि च णिजन्तानां प्रसङ्गे किं चिन्तनम् इत्युक्ते णिजन्तरूपसिद्धौ अपि आर्धधातुकप्रक्रिया एव भवति. आदौ इत्युक्ते णिच् प्रत्ययः तिङ्क्षित् नास्ति इति कारणतः आर्धधातुकप्रत्ययः. णिजन्तरूपसाधनवेलायाम् औपदेशिकधातुतः णिच् प्रत्ययं योजयामः, तेन नूतनधातोः निर्माणं भवति. एकवारं नूतनधातुः निष्पद्यते चेत् तस्मात् परं तिङ्प्रत्ययस्य योजनेन तिङन्तरूपाणि, कृत् प्रत्ययस्य योजनेन कृदन्तरूपाणि साधयितुं शक्नुमः. एवं वयं गते वर्गे णुवुलु, अनियरु, णिच् प्रत्ययान् योजयित्वा रूपाणि साधितवन्तः. तेषां रूपसिद्धौ आर्धधातुकप्रक्रिया अनुसरणीया शप् विकरणप्रत्ययः न आयाति एव. अतः तत्र गणचिन्तनं न कदापि भवति. यदा शप् न आयाति तदा शपं प्रबाध्य अन्ये गणविकरणाः अपि न आयन्ति खलु. धातुः तत्र यस्मिन् कस्मिन् अपि गणे भवतु नाम शप् न कदापि आयाति आर्धधातुकप्रक्रियायां. तत्र भेदः कः? आर्धधातुकप्रक्रियायां धातोः परम् आर्धधातुकप्रत्ययः अस्ति खलु, अतः आर्धधातुकप्रत्ययं निमित्तीकृत्य धातौ अङ्गकार्यं भवति. अङ्गकार्यम् अवश्यं करणीयम्. अङ्गकार्यं तु भिद्यते एव, तदर्थं रूपभेदः. इत्युक्ते आर्धधातुकप्रत्ययं निमित्तीकृत्य धातौ अङ्गकार्यं भिद्यते इत्युक्ते धातोः रूपम् अनुसृत्य तत्र अङ्गकार्यं भवति. पश्चात् अङ्गकृत् प्रत्ययोः मेलनं भवति. आर्धधातुकप्रक्रियार्थं मातृभिः किं कृतम्? आर्धधातुकप्रक्रियासौलभ्यार्थं सर्वेषाम् उपद्विसहस्रं धातूनां विभजनं कृतवती माताजी. प्रक्रियासौलभ्यार्थं सर्वेषाम् उपद्विसहस्रं धातूनां विभजनं भिन्नरीत्या मातृभिः कृतमस्ति. उपद्विसहस्रं धातूनां वर्गीकरणं चतुर्दशवर्गेषु कृतवती. आर्धधातुकप्रक्रियासौलभ्यार्थं चतुर्दशवर्गेषु सर्वे धातवः विभक्ताः सन्ति. धातोः अन्तिमवर्णम् आश्रित्य नववर्गेषु अजन्तधातवः सन्ति. अपि च उपधायां कः वर्णः अस्ति इत्यस्य आधारेण चतुर्षु वर्गेषु हलन्तधातवः सन्ति अपि च अवशिष्टधातवः अन्ततो गत्वा नव चत्वारः अपि च एकः अवशिष्टाः मिलित्वा आहत्य चतुर्दशवर्गेषु सर्वे धातवः विभक्ताः सन्ति. हलन्तधातूनां प्रसङ्गे चिन्तनं कुर्मः चेत् उपधायां कः ह्रस्ववर्णः अस्ति इत्यस्य आधारेण अदुपधाः इदुपधाः उदुपधाः रुदुपधाः एवं चतुर्षु वर्गेषु सर्वे हलन्तधातवः विभक्ताः. किन्तु तत्र प्रश्नः उदेति खलु, उपधायां दीर्घवर्णः अस्ति चेत् किं भवति, उपधायां दीर्घवर्णः अस्ति चेत् का गतिः इति प्रश्नः उदेति. उदाहरणार्थं जीव् इति धातुः अस्ति, जीव् धातुः तत्र उपधायां दीर्घवर्णः अस्ति, तदर्थं विशेषसूत्राणि न सन्ति. उपधायां ह्रस्वाकारः, उपधायां ह्रस्व इकारः, उपधायां ह्रस्व उकारः, उपधायां ह्रस्व ऋकारः इत्युक्ते अधुपधाः इदुपधाः उदुपधाः रुदुपधाः एतेषां प्रसङ्गे एव अङ्गकार्यं कर्तुं विशेषसूत्राणि सन्ति. उपधायां दीर्घवर्णः अस्ति चेत् तस्य कृते विशिष्टसूत्राणि न सन्ति, तदर्थं तेषां कृते विशेषवर्गः नास्ति. अदुपधाः इति कथनेन अत् उपधा यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति. तत्र तपरकरणं कृतमस्ति, अत् इति कथनेन केवलं ह्रस्वाकारस्य एव ग्रहणं भवति. यद्यपि अष्टादश अकाराः सन्ति तदापि केवलं ह्रस्व अकारस्य एव ग्रहणं भवति. अपि च आर्धधातुकप्रक्रियायाम् इडागमचिन्तनम् अवश्यं करणीयम्. धातुः सेट् अपि च प्रत्ययः सेट् अस्ति चेत् तदानीम् एव इडागमः भवति इति सामान्यनियमः. पाणिनिः किं कृतवान्, प्रत्येकं सूत्रस्य कार्यक्षेत्रं बहु बृहत् भवतु इति तस्य आशयः अस्ति. प्रत्येकं सूत्रं बहूनां पदानां निर्माणार्थं भवतु इति तस्य आशयः, पाणिनेः आशयः. सः एकं सूत्रं निर्माय पश्चात् तस्य कृते अपवादान् निर्मितवान्. अयं तु सामान्यनियमः, धातुः सेट् प्रत्ययः अपि सेट् अस्ति चेत् इडागमः भवति इति सामान्यनियमः. किन्तु तस्य कृते बहवः अपवादाः सन्ति इति स्मर्तव्यम्. धातुः कथं सेट् भवति, कदा अनिट् भवति, केन सूत्रेण धातुः अनिट् भवति, प्रत्ययः अपि कदा सेट् भवति, प्रत्ययः अपि कदा अनिट् भवति इत्यस्य निर्णयार्थम् अपि सूत्रद्वयमस्ति. वयं पूर्वं पठितवन्तः, धातूनां प्रसङ्गे एकं सूत्रमस्ति, एकाच उपदेशे अनुदात्तात् इति सूत्रमस्ति. एकाच उपदेशे अनुदात्तात् इति सूत्रेण सः धातुः अनिट् इति ज्ञातुं शक्नुमः. उपदेशावस्थायां धातोः रूपं भिन्नम् अस्ति खलु, औपदेशिकधातुः भिन्नः, लौकिकधातुः भिन्नः. इत्युक्ते उपदेशावस्थायां धातुं स्वीकृत्य अनुबन्धलोपं कृत्वा पश्चात् तत्र कति अचुवर्णाः सन्ति इति द्रष्टव्यं, सः अचुवर्णः अपि कीदृशः इति द्रष्टव्यम्. इत्युक्ते उपदेशावस्थायाम् अनुबन्धवर्णानां लोपकार्यानन्तरं धातौ एकः एव अचुवर्णः अस्ति अपि च सः अचुवर्णः अनुदात्तः चेत् तदा तादृशधातोः परम् इडागमः न भवति, सः धातुः इडनुकूलः नास्ति इति अनेन सूत्रेण उच्यते. एकाच उपदेशे अनुदात्तात् इति सूत्रेण धातोः अनिटत्वम् उच्यते. इत्युक्ते अनिट् धातोः व्याख्या अनेन सूत्रेण दीयते. इत्युक्ते यस्मिन् धातौ उपदेशावस्थायाम् इत्संज्ञकवर्णानां लोपकार्यानन्तरं केवलम् एकः एव अचुवर्णः स्वरवर्णः अस्ति चेत् अपि च सः अचुवर्णः अनुदात्तः चेत् तादृशधातोः परम् इडागमः न भवति, तादृशधातुः अनिट् धातुः भवति, अन्यधातवः सेटः भवन्ति. उदाहरणार्थं डुक्रुञ् इति धातुं स्वीकुर्मः, परिचितधातुः खलु डुक्रुञ् इति. तत्र डु इति आदुर्निटुडवः इति सूत्रेण इति संज्ञकः भूत्वा तस्य लोपः सूत्रेण अपगच्छति. ञकारः इत्युक्ते चवर्गीय अन्तिम अनुनासिकव्यञ्जनं तत्र अस्ति. अयं धातुः उभयपदी धातुः, डुक्रुञ् धातुः चवर्गीय अन्तिमव्यञ्जनम् अस्ति अन्ते. हलन्त्यं सूत्रेण तस्य इत् संज्ञा भूत्वा तस्य लोपः सूत्रेण अपगच्छति. क्रु अवशिष्यते, क्रु धातौ एकः एव अचुवर्णः अस्ति, ककारोत्तर ऋकारः क्रु इति कथनेन ककारोत्तररुकारः अस्ति, सः ऋकारः अनुदात्तः, एकः एव अच्युवर्णः अस्ति, अपि च सः ऋकारः अनुदात्तः, अतः क्रु धातुः अनिट् धातुः। अपि च वयं रूपाणि जानीमः खलु, क्रु धातोः रूपाणि कृतं, कार्यं कृतं, कृतवान्, सः कार्यं कृतवान्, अहं कार्यं कृत्वा वदामि, कृत्वा, एषा कृतिः, कृतं, कृतवान्, कृत्वा, कृतिः, एतानि आर्धधातुकप्रत्ययानां रूपाणि, क्रूधातुतः आर्धधातुकप्रत्ययस्य योजनेन निर्मितानि रूपाणि। एते प्रत्ययाः आर्धधातुककृत् प्रत्ययाः, क्ता, क्तवतु, क्त्वा, क्तिन्, एते प्रत्ययाः अर्धधातुककृत् प्रत्ययाः, तकारादिप्रत्ययाः, कृतं, कृतवान्, कृत्वा, कृतिः इत्यत्र इडागमरहितं रूपं दत्तमस्ति। किमर्थम् इति प्रश्ने सति, तत्र यद्यपि प्रत्ययाः तकारादिप्रत्ययाः, सेट् प्रत्ययाः, किन्तु तत्र धातुः अनिट् अस्ति इत्यतः इडागमरहितानि रूपाणि सिद्ध्यन्ति। अपि च उपदेशावस्थायां धातोः परं कीदृशानि चिह्नानि सन्ति, धातुः सेट् वा अनिट् वा इति कथं जानीमः इति प्रश्ने सति, धातोः सेट्त्वम् अनिटत्वं ज्ञातुं स्वराङ्कितधातुपाठः द्रष्टव्यः। स्वराङ्कितधातुपाठं पश्यामश्चेत् अवगन्तुं शक्नुमः तत्र धातोः परम् अनुबन्धवर्णानां लोपकारे अनन्तरं कानि कानि चिह्नानि सन्ति, चिह्नानि आधारीकृत्य अवगन्तुं शक्नुमः। नो चेत् स्मर्तव्यः अंशः कः इत्युक्ते, अजन्तधातवः बहवः अनिटः सन्ति, बहवः अजन्तधातवः अनिटः सन्ति, केचन धातवः एव अजन्तधातवः सेटः सन्ति, तेषां कण्ठस्थीकरणेन अपि अवगन्तुं शक्नुमः। किन्तु आर्धधातुकप्रक्रियायां के के धातवः सेटः अनिटः इत्यस्मिन् प्रसङ्गे विस्तरेण पठितुं शक्नुमः। केवलं चतुर्दश इति भाति, चतुर्दश अजन्तधातूनां कण्ठस्थीकरणेन पर्याप्तं भवति, इत्युक्ते बहवः अजन्तधातवः अनिटः एव, केवलं चतुर्दश धातवः एव अजन्तधातवः सेटः सन्ति, तेषां चतुर्दश धातूनां कण्ठस्थीकरणेन अस्माकं मनसि ते धातवः तिष्ठन्ति, अतः तेषां रूपाणि सुलभतया साधयितुं शक्नुमः। एवमेव हलन्तधातूनां प्रसङ्गे अपि बहवः हलन्तधातवः सेटः सन्ति, केचन एव हलन्तधातवः अनिटः सन्ति। कति सन्ति हलन्तधातवः अनिटः इति प्रश्ने सति, 2-100 इति भाति, तेषां कण्ठस्थीकरणेन रूपाणि साधयितुं शक्नुमः इति अन्यः उपायः। स्वराङ्कितधातुपाठः द्रष्टव्यः इति एकः विषयः, नो चेत् केषाञ्चन धातूनां कण्ठस्थीकरणेन अपि रूपाणि साधयितुं शक्नुमः, कः धातुः सेट्, कः धातुः अनिट् इति चिन्तनं मनसि अस्ति चेत् तदा अस्माकं कार्यं सुलभं भवति इति अन्यः उपायः। अपि च प्रत्ययानां प्रसङ्गे सः प्रत्ययः सेट् वा अनिट् वा इति अवगन्तुं वयं सूत्रद्वयं दृष्टवन्तः। प्रत्ययानां विषये सूत्रद्वयं पठितं पूर्वम्, आर्धधातुकस्येड्वलादेः नेड् वशीकृति इति सूत्रद्वयम्, आर्धधातुकस्येड्वलादेः इति सूत्रम् इडागमविधायकसूत्रम्, आर्धधातुकप्रत्ययस्य इडागमः भवति, वलादि आर्धधातुकप्रत्ययस्य इडागमः भवति, वलादि आर्धधातुकप्रत्ययस्य इडागमः भवति इति तत्र स्मर्तव्यः अंशः। प्रत्ययस्य इडागमः भवति, न तु धातोः अथवा न तु अङ्गस्य। आर्धधातुकप्रत्ययस्य आदिमवर्णः यकारं विहाय अन्यत् व्यञ्जनमस्ति चेत् तदा इडागमः भवति। आर्धधातुकप्रत्ययस्य आदिमवर्णः इति तत्र स्मर्तव्यः अंशः अस्ति। अपि च आदिमवर्णः कथं द्रष्टव्यं, प्रत्ययस्य अनुबन्धवर्णानां लोपकार्यानन्तरं प्रथमवर्णः द्रष्टव्यः। अपि च प्रत्ययस्य कश्चन आदेशः अस्ति चेत् तम् आदेशं कृत्वा प्रथमवर्णः निर्णेतव्यः। उदाहरणार्थं ल्युट् प्रत्ययः अस्ति, ल्युट् प्रत्ययस्य प्रसङ्गे आदौ अनुबन्धलोपं कुर्मः, तेन यु अवशिष्यते, पश्चात् युवोरनाकौ इति सूत्रेण अन आदिष्टः भवति, तम् आदेशं कृत्वा पश्चात् एव प्रथमवर्णः निश्चेतव्यः। यु स्थाने अन आदेशः भवति इत्यतः सः प्रत्ययः अजादिप्रत्ययः भवति. अजादिः इति कथनेन वल् प्रत्याहारे अकारः नास्ति इत्यतः ल्युट् प्रत्ययः अनिट् भवति. अपि च आर्धधातुकप्रत्ययानां प्रसङ्गे एव इदं सूत्रद्वयं कार्यं करोति. आर्धधातुकस्येड्वलादेः नेड् वशीकुरुति. सार्वधातुकप्रत्ययानां प्रसङ्गे सूत्रं कार्यं न करोति. किमर्थं चेत् सार्वधातुकप्रत्ययानां प्रसङ्गे इडागमचिन्तनमेव नास्ति. इदं सूत्रम् इडागमविधायकसूत्रमस्ति. आर्धधातुकस्येड्वलादेः इति सूत्रं तिङन्तानां प्रसङ्गे एव पर्याप्तं भवति. तिङन्तानां प्रसङ्गे इदं सूत्रं पर्याप्तम्. किन्तु आर्धधातुककृदन्तानां प्रसङ्गे अन्यत् सूत्रमपि आवश्यकमस्ति. नेड् वशीकुरुति इति सूत्रमपि अवश्यं द्रष्टव्यम्. आर्धधातुककृतप्रत्ययस्य आदिमवर्णः वलादिः स्यात्, किन्तु वशादिः मा भूत् इति तस्य अर्थः अस्ति. आर्धधातुकप्रत्ययस्य आदिमवर्णः वलादिः अपि च वशादिः अस्ति चेत् तादृशप्रत्ययस्य इडागमः न भवति. इदं सूत्रम् इडागमनिषेधकसूत्रमस्ति. यदा कदापि विधिः अस्ति चेदेव खलु निषेधः अपि भवितुं शक्नोति. इत्युक्ते आदौ आर्धधातुकस्येड्वलादेः इति सूत्रेण तत्र इडागमकार्यं भवति वा इति आदौ द्रष्टव्यम्. प्रथमतया विधिसूत्रमस्ति चेदेव पश्चात् निषेधकसूत्रम् आगत्य कार्यं कर्तुं शक्नोति. आर्धधातुककृत् प्रत्ययः सेट् वा अनिट् वा इति ज्ञातुम् इदं सूत्रद्वयम् अपेक्षितमस्ति. एतत् सर्वं पूर्वमेव पठितं. प्रत्येकम् आर्धधातुककृत् प्रत्ययस्य विषये इदं सूत्रद्वयम् उपयुज्य तेन आधारेण एव सः प्रत्ययः सेट् वा अनिट् वा इति ज्ञातुं शक्नुमः. धातुः अपि सेट्, प्रत्ययः अपि सेट् अस्ति चेदेव तत्र इडागमः भवति. अपि च एकः अन्यः विषयः अस्ति. वस्तुतः उपद्विसहस्रं धातवः सन्ति. तेषां विभजनम् आर्धधातुकप्रक्रियासौलभ्यार्थं चतुर्दशवर्गेषु मातृभिः विभजनं कृतमासीत्. किन्तु तादृशं विभजनं सार्वधातुकप्रक्रियायाम् अपि आवश्यकं भवति. सर्वेषां धातूनां विभजनं चतुर्दशवर्गेषु कृतं. तादृशं विभजनं सार्वधातुकप्रक्रियासौलभ्यार्थमपि आवश्यकं भवति. भुवादिगणं स्वीकरोतु. भुवादिगणे उपसहस्रं धातवः सन्ति. अप्राक्सिमेट्लि 1000 धातुस्. उपसहस्रं धातूनां रूपाणि साधयितुं तत्रापि उपायः आवश्यकः अस्ति. उपसहस्रं धातूनां रूपाणि, भुवादिगणीयधातूनां रूपाणि साधयितुं प्रक्रियासौलभ्यार्थम् ईदृश उपायः आवश्यकः एव. एतादृशं विभजनं न केवलम् आर्धधातुकप्रक्रियायाः प्रसङ्गे, सार्वधातुकप्रक्रियायाम् अपि तस्य उपयोगः अस्ति. सार्वधातुकप्रक्रियायां किं कुर्मः? सार्वधातुकप्रक्रियायाम् आदौ गणनिमित्तिकविभजनं कुर्मः. धातूनां गणम् आश्रित्य कार्याणि कुर्मः. पश्चात् किं कुर्मः? धातोः अन्तिमवर्णम् अनुसृत्य विभजनं कृत्वा रूपाणि साधयामः. तत्र सोपानद्वयम् अस्ति. आर्धधातुकप्रक्रियायां गणचिन्तनं नास्ति. केवलं धातवः चतुर्दशवर्गेषु विभक्ताः इति मनसि निधाय रूपाणि साधयामः. किन्तु सार्वधातुकप्रक्रियायाम् आदौ गणचिन्तनं कुर्मः. पश्चात् धातोः अन्तिमवर्णमाश्रित्य विभजनं कृत्वा पठामश्चेदेव तत्र सौलभ्यं भवति. एतत् सर्वं किमर्थं कृतमस्ति, एवं किमर्थं कृतम् इति प्रश्ने सति अष्टाध्यायी ग्रन्थे सूत्राणि एवं क्रमेण स्थापितानि सन्ति. अतः एतादृशरीत्या मातृभिः विभजनं कृतमस्ति अस्माकं प्रक्रियासौलभ्यार्थम्. अद्य वयम् आर्धधातुककृदन्तानां चिन्तनं कुर्मः. आर्धधातुकः कृत् प्रत्ययानाम् इडागमविचारः इति लिखितमस्ति, तस्मात् आरभ्य पठेम. नरसिंह हेग्डे महोदय, भवान् पठतु.
आर्धधातुककृत् प्रत्ययानाम् इडागमविचारः. आर्धधातुककृत् प्रत्ययैः निष्पादितानां पदानां धातुगणभेदो न भवति, किन्तु इडागमविचारः अपेक्षितः. यथा त्ववतु, कृतवान्, गतवान्, परन्तु इडागमे अस्ति, पठितवान्, खादितवान्, तुमुन्, ज्ञातुम्, आप्तुं, परन्तु इडागमे सति, क्रीडितुं, जीवितुं, तव्यत्, द्रष्टव्यं, दातव्यं, परन्तु इडागमे सति, खादितव्यं, क्रीडितव्यं, सृच् कर्ता, दाता, परन्तु इडागमे सति, स्पर्धिता, दयित एवमेव अनियर् नूल् त्वा लिट् यावन्तः कृत्प्रत्ययः अशीतः सन्ति ते सर्वे तथा आर्धातुकाः तत्र इडागमविचारः करणीयः. अत्र आर्धातुककृत्प्रत्ययानां प्रसङ्गे इडागमविचारः भवति इति विषयः विवृतमस्ति. आर्धातुककृत्प्रत्ययैः निष्पादितानां पदानां धातुगणं भेदो न भवति. किमर्थम् इत्युक्ते तत्र विकरणप्रत्ययः आयाति, परन्तु तत्र इडागमस्य विचारः कर्तव्यम्. एतत् उदाहरणं दत्तमस्ति, तवतु इति प्रत्ययेन कृ धातुतः कृतवान् भवति, गतवान् इति. तादृश भिन्नभिन्नधातुं स्वीकृत्य तादृशरूपाणि भवति, तत्र इडागमः न भवति तत्र. परन्तु यत्र इडागमः भवति तदेव तवतु स्वीकर्तुं तत्र रूपं भवति, पठितवान् खादितवान् इति.
अत्र प्रत्येकं रूपं स्वीकृत्य रूपं साधयतु, कृतवान्, गतवान्, पठितवान्, खादितवान्.
कृतवान् इत्यत्र तवतु इत्यत्र प्रथमतया सकारस्य इत्संज्ञ भवति, उकारस्यपि इत्संज्ञ भवति, तवत्तेव अवशिष्यते अत्र. इदानीं कृ इति धातुः कृ योग तवत् कृतवत् कृतवत् इति भवति, अनन्तरं पुल्लिङ्गे कृतवान् इति भवति. अत्र गतवान् इत्यत्र अहं चिन्तयामि गम् इति धातुः, तत्र गच्छ इति आदेशः भवति, अनन्तरं गच्छयोग तवत् तवत्.
महोदय, क्रू धातोः प्रसङ्गे भवान् यदुक्तवान् तत्तु साधु एव. अत्र डुक्रि धातुतः क्रू इति लौकिकधातोः निर्माणं भवति. क्रू धातुः अजन्तधातुः, अतः अनिट् धातुः. अनिट् धातुः अस्ति इति कारणतः धातौ आनुकूल्यं नास्ति इति कारणतः इडागमः न भवति, किन्तु करिष्यति इत्यत्र इडागमः दृश्यते. करिष्यति इत्यत्र इडागमः किमर्थं भवति इत्युक्ते अपवादसूत्रेण तत्र इडागमः भवति. तस्य कृते एकं विशिष्टं सूत्रम् अस्ति, रुद्धनोः स्ये इति सूत्रमस्ति. करिष्यति इत्यत्र स्या इति लकारनिमित्तिकविकरणप्रत्ययः लृट् लकारे आयति. रु इति कथनेन रुकारान्तधातूनां प्रसङ्गे अपि च हन् धातोः प्रसङ्गे रुद्धनोः स्ये इति सूत्रेण इडागमः भूत्वा करिष्यति इति रूपं सिद्ध्यति. तत् सूत्रम् अपवादसूत्रमस्ति. वस्तुतः क्रू धातुः अनिट् धातुः एव. अपि च तवतु प्रत्ययः भूतकालार्धकप्रत्ययः, अपि च कर्तरि कृत् इति सूत्रेण कर्त्रार्धकप्रत्ययः. तवतु प्रत्ययः सेट् प्रत्ययः. किमर्थं सेट् इत्युक्ते तकारादिप्रत्ययः, तकारः वल् प्रत्याहारे अस्ति. अपि च अयं प्रत्ययः कृत् प्रत्ययः अस्ति इति कारणतः तत्र नेड् वशीकृति इति सूत्रमपि द्रष्टव्यम्. तकारः वशादिः नास्ति, केवलं वलादिः एव, अतः इडनुकूलप्रत्ययः. यत्र यत्र धातौ आनुकूल्यमस्ति तत्र तत्र इडागमः भूत्वा इडागमसहितं रूपम् आयाति. द्वितीयं पदमस्ति गतवान् इति रूपमस्ति, तत्र धातुः गम् अस्ति. आर्धधातुकप्रक्रियायां धातुगणचिन्तनं नास्ति. गच्छति इति रूपं लट्लकाररूपमस्ति. लट्लकारः सार्वधातुकलकारः. सार्वधातुकप्रक्रियायां चिन्तनं भिन्नमस्ति. गच्छति, गच्छतु, अगच्छत्, गच्छेत् इत्यादिषु लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु गम् धातोः प्रसङ्गे इषु गमि यमां छः इति विशिष्टसूत्रेण छकारादेशः भवति. पश्चात् अन्यानि सन्धिकार्याणि भूत्वा गच्छति, गच्छतु इत्यादीनि रूपाणि सिद्ध्यन्ति. सा प्रक्रिया भिन्ना, सार्वधातुकप्रक्रिया भिन्ना. सार्वधातुकप्रक्रियायाम् एव शितिपरे तादृशं कार्यं भवति, किन्तु अत्र आर्धधातुकप्रक्रिया अस्ति. गम् धातोः परं क्तवतु प्रत्ययः अस्ति. क्तवतु प्रत्ययः कित् अस्ति इति कारणतः एकेन विशिष्टसूत्रेण तत्र अनुनाशिकलोपः भवति, मकारलोपः भवति. गम् योगः तवत् इत्यत्र मकारलोपः भूत्वा गतवत् इति प्रातिपदिकं सिद्ध्यति. गतवत् प्रातिपदिकं स्वीकृत्य गतवान् इति रूपं साधयामः. इदानीं भवान् वदतु, पठितवान्, खादितवान्?
पठितवान् खादितवान् पठितधातु अस्ति, पठ् इत्यत्र हलन्तधातु अस्ति, पठ् इत्यत्र पकार उत्तरवर्ती अकार अनुनासिक अस्ति, अतः एक तत्र अनुनासिकः नास्ति. क्षम्यतां, तत्र किमपि तत्र पदोरेखा वा उपरिरेखा नास्ति, अतः उदात्तः अस्ति. अतः तत् एकादश उपदेशे अनुदात्तः इति सूत्रेण अनिट् भवेत्, परन्तु अत्र अनुदात्तः नास्ति इति कृत्वा उदात्तः इति कृत्वा तत् इडागमः भवति, इडानुकूलः भवति पट्ट इति धातु. तवत् इति यथा भवती इदानीम् उक्तवती तत्रापि तदपि इडानुकूलः अस्ति. किमर्थम् इत्युक्ते आर्धातुकसेड्वलाद इत्यनेन त इति वल् प्रत्ययः अस्ति इति कृत्वा इदानीं धातुः अपि इडानुकूलः, प्रत्ययः अपि इडानुकूलः. तत्र इडानुकूलः भवति. इडानुकूलः कुत्र भवति इत्युक्ते पट् तत्र इट् इति टित् अस्ति अतः अद्यन्तं टकितौ इत्यनेन प्रत्ययात् पूर्वम् आयाति. इदानीं पट्योग ईयोग तवत् पठितवत् इति प्रातिपदिक, पठितवान् इति पुल्लिङ्गे भवति. समानरीत्या खादितवान्, खादितवान् इति खाद् इति धातुः अस्ति, तत्रापि किमपि रेखा नास्ति अतः उदात्त अस्ति, अतः तदपि इडानुकूलः भवति. तवत् यथा वयं दृष्टं तदपि इडानुकूलः अस्ति, अतः तत्रापि समानरीत्या खाद् ई योग तवत् खादितवत् इति भवति, पुल्लिङ्गे खादितवान् इति रूपं भवति.
इदानीं तुमन् रूपाणि साधयतु. ज्ञातुम् आप्तुं,
ज्ञातुम् आप्तुं तत्र ज्ञायोग तुमुन् इत्यत्र नकारस्य अनन्तम् इत्यनेन संज्ञा भवति, मकारोत्तरवर्ति उकारस्य अनुनासिक इत्यनेन उपदेशनुनासिक इत्यनेन संज्ञा भवति. तुम् इति अवशिष्यते. ज्ञा धातुः, ज्ञायोग तुम्, ज्ञा इति तत्र इदनुकूलः नास्ति तत्र.
अजन्तधातुः खलु, अतः अजन्तधातवः सामान्यतया अनिटः.
अतः इडानुकूलः नास्ति, यतोहि तुम् इति अस्ति इडानुकूलः, परन्तु धातुः नास्ति इति कृत्वा इडागमः न भवति, केवलं वर्णमिदं ज्ञायोगत्वं ज्ञातुं. समानरीत्या आप् तत् आप् योग तुम् आप् इति तत्र तदपि
अनिटधातुः एव,
अनिटधातुः एव, अनिटधातुः एव आप् योगत्वम् आप्तुं. परन्तु यत्र इडागमः भवति इदानीं क्रीड् योग क्रीड् स्वीकुर्मः चेत्, क्रीड् इति धातुः स्वीकुर्मः चेत् तत्र क्रीड् इत्यत्र इडागमः इडानुकूलः अस्ति क्रीड् इति धातुः. अतः क्रीड् योग ई योगत्वं क्रीडितुं भवति. जीव् धातुः स्वीकुर्मः चेत् तत्रापि इडानुकूलः अस्ति, अतः जीव् योग ई योगत्वं जीवितुम् इति रूपं भवति.
उत्तमं. तुमन्नन्तरूपाणि दत्तानि. तुमन् प्रत्यये नकारः हलन्त्यम् इत्यनेन इत्संज्ञकः भवति, मकारोत्तर उकारः उच्चारणार्थः इति मया श्रुतमासीत्. अत्र तुम् एव अवशिष्यते. प्रत्ययः तकारादिप्रत्ययः, तकारादिप्रत्ययः अस्ति इति कारणतः तकारः वल् प्रत्याहारे अस्ति, अतः तुमन् प्रत्ययः इडनुकूलप्रत्ययः एव. किन्तु तत्र धातव आनुकूल्यमस्ति वा इति द्रष्टव्यम्. ज्ञाधातुः अनिट् धातुः, आकारान्तधातुः. दा अस्ति चेत् दातुं, पा अस्ति चेत् पातुं, ज्ञा अस्ति चेत् ज्ञातुम्. एते धातवः आकारान्ताः, आकारान्ताः सर्वे धातवः अनिटः एव. अजन्तधातवः सामान्यतया अनिटः भवन्ति, किन्तु केवलं चतुर्दशधातवः इति भाति ते अजन्तधातवः सेटः सन्ति. भूधातुः सेट् धातुः, भूधातुः सेट् अस्ति, तत्रापि बहवः अपवादाः सन्ति. सेट् अस्ति चेदपि भूधातुः सेट् अस्ति इति कारणतः भविष्यति इति रूपं सिद्ध्यति, किन्तु भूतवान्, भूतः, भूतिः, भूत्वा इत्यादिषु इडागमः न दृश्यते. तदर्थमपि सूत्रमस्ति, श्रुकः किति इति सूत्रमस्ति. श्रुकः इत्युक्ते श्रीधातोः प्रसङ्गे, उगन्तधातूनां प्रसङ्गे अपि तत् सूत्रं कार्यं करोति. श्रुकः किति इत्युक्ते श्रीधातोः प्रसङ्गे श्रितः इति रूपं सिद्ध्यति. उक् प्रत्याहारे ऊकारः अपि अस्ति, उगन्तधातवः इति कथयामः. भूधातुः अपि उगन्तधातुः, उक् प्रत्याहारः. इक् प्रत्याहारं जानीमः, एवमेव उक् प्रत्याहारः. भूत्वा, भूतवान्, भूतम् इत्यादिषु तत्र धातुः तु वस्तुतः सेट् धातुः, भूधातुः. धातुः सेट् अस्ति इति कारणतः भविष्यति इति रूपं सिद्ध्यति, किन्तु एतेषां प्रसङ्गे इडागमरहितं रूपं द्रष्टुं शक्नुमः. भूतं, भूतवान् इत्यत्र तत्र अपवादसूत्रमस्ति इति अवगन्तव्यम्. क्रीड् धातुः उपधायां दीर्घ ईकारः अस्ति. जीवपि तादृशधातुः एव. तयोः प्रसङ्गे धातुः सेट् अस्ति इति कारणतः इडागमः दृश्यते, इडागमसहितं रूपं द्रष्टुं शक्नुमः. क्रीडितुं, जीवितुम् इति रूपं, जीवितुम् इति तुमन्नन्तं रूपं, जीवितम् इति कृतान्तरूपम् अस्ति. भवान् वदतु तव्यत् द्रष्टव्यं दातव्यम्.
तव्यत् इत्यत्र तकारस्य अनत्तमस्य भवति इति अवशिष्यते. इदानीं दृश् दातु दृश्योगतव्य तत्र सन्धि भूत्वा द्रष्टव्य भवति प्रातिपदिकम्. अनन्तरं नपुंसकलिङ्गे द्रष्टव्यम् इति रूपं भवति. समानरीत्या दा योगतव्य तत्रापि दातव्य इति प्रातिपदिकं. नपुंसकलिङ्गे सर्वदा नपुंसकलिङ्गम् इति चिन्तयामि अहम्, अतः दातव्यम् इति रूपं भवति. परन्तु यत्र इडागमस्य प्रसक्ति समानस्य धातोः तदेव धातुः का खादिति यथा पूर्वं द्रष्टुं खादितवान् इत्युक्ते तत्रापि इडागमः भवति. खाद्योग ईयोगतव्य खादितव्य इति प्रातिपदिकं खादितव्यं नपुंसकलिङ्गे. क्रीड्योग ईयोगतव्य क्रीडितव्य क्रीडितव्यम् इति नपुंसकलिङ्गे भवति.
उत्तमं. तव्यति प्रत्ययः अपि तकारादिप्रत्ययः. तकारः वल् प्रत्याहारे अस्ति इत्यतः तव्यत् प्रत्ययः अपि सेट् प्रत्ययः. किन्तु तव्यत् प्रत्ययः कर्मार्थकप्रत्ययः, इत्युक्ते कर्मपदस्य विशेषणं भवति. तव्यत् प्रत्ययान्तं पदं कर्मपदस्य विशेषणं भवति, कर्मार्थकप्रत्ययः. अतः शप्ना आयाति. अपि च दृशिर् इति धातुः वस्तुतः औपदेशिकावस्थायां दृशिर् इति धातोः रूपम् अस्ति. अत्र इरः इति संज्ञा वाच्य इति वार्तिकेन इर् इत्यस्य इत् संज्ञा भूत्वा दृश् इति लौकिकधातोः निर्माणं भवति. पश्चात् अन्यानि कार्याणि भूत्वा सन्धिकार्याणि बहूनि कार्याणि सन्ति. दृश् धातुतः द्रष्टव्यम् इति रूपं भवति. तत्र बहूनि कार्याणि सन्ति. अन्ततो गत्वा स्तुत्वसन्धिकार्यं भवति. अत्र किमर्थम् इडागमः न दृश्यते इति प्रश्ने सति धातौ एव आनुकूल्यं नास्ति. दृश् धातुः अनिट् धातुः, अतः द्रष्टव्यम् इति रूपं सिद्ध्यति, इडागमः नास्ति. एवमेव दा धातोः रूपं दातव्यं. दा धातुः आकारान्तधातुः, अजन्तधातुः, अतः अनिट्. दा धातुतः तव्यत् योजनेन दातव्य इति प्रातिपदिकं. किन्तु त्रिषु लिङ्गेषु तव्यत् प्रत्ययान्तरूपाणि सिद्ध्यन्ति. दातव्यं, दातव्या, दातव्यः, एवं त्रिषु लिङ्गेषु रूपाणि सुबन्तरूपाणि साधयितुं शक्नुमः. सप्तसु विभक्तिषु तेषां रूपाणि लभ्यन्ते. खाद् धातुः सेट् धातुः, तव्यतपि सेट् प्रत्ययः, अतः इडागमसहितं रूपं खादितव्यं. क्रीड् धातुः अपि सेट्, अतः क्रीडितव्यम् इति रूपं सिद्ध्यति. तृच् प्रसङ्गे भवान् वदतु.
तृच् मध्ये चकारस्य अलन्त्यम् इति संज्ञा भवति, तृ एव अवशिष्यते. इदानीं कृ धातु योगतृ कर्तृ इति प्रातिपदिकं, कर्ता इति पुल्लिङ्गरूपं. समानरीत्या दा इति दातुं दातृ इति प्रातिपदिकं भवति. इडागमस्य प्रसक्ति कुत्रापि नास्ति, अतः केवलं वर्णमेलनं. दा योगतृ दातृ दाता इति पुल्लिङ्गे. परन्तु यत्र इडागमः भवति तत्र स्पर्त् स्पृ धातु, अनन्तरं तृ, तत्र स्पर्धितृ इति रूपं भवति, स्पर्धिता इति. अत्र धातु किं महोदय? स्पर्धकार
स्पर्ध.
ओके.
स्पर्ध इति धातुः भुवादिगणे अस्ति. सङ्घर्षे स्पर्धा भवति इति जानीमः खलु. स्पर्धा इत्युक्ते काम्पिटिशन्. स्पर्धा उपदेशावस्थायां धातोः अन्ते अनुनासिक अकारः अस्ति. स्पर्धौ इति रूपम् अस्ति, इत्युक्ते अनुनासिक अकारः उपदेशजनुनासिक इत् इत्यनेन इत् संज्ञकः भवति. लौकिकधातुः स्पर्ध सङ्घर्षे इत्यस्मिन् अर्थे भुवादिगणे अस्ति इति कारणतः स्पर्धते इति रूपम् अस्ति. आत्मनेपदी धातुः स्पर्धते, स्पर्धेते, स्पर्धन्ते, एवं लटीरूपाणि भवन्ति. भवान् वदतु.
स्पर्धिति इडानुकूलधातु अस्ति. अतः स्पर्धयोग ईयोगतृ स्पर्धितृ इति प्रातिपदिकं, स्पर्धिता इति पुल्लिङ्गे. समानमेव डै इति धातु डैयोग, तत्रापि इडानुकूलः अस्ति. अतः डैयोग ईयोग तृ डैतृ इति रूपं प्रातिपदिकं, डैता इति पुल्लिङ्गे भवति.
उत्तमं. तृच् इति प्रत्ययः अपि इडनुकूलप्रत्ययः. तृच् प्रत्यये आदिमवर्णः, प्रत्ययस्य आदिमवर्णः तकारः अस्ति. तकारः वल् प्रत्याहारे अस्ति. अत्र प्रत्यये सेट्त्वम् अस्ति, अपि च धातुः सेट् वा इति द्रष्टव्यं. क्रु धातुः ऋकारान्तधातुः, अजन्तधातुः, अतः अनिट् भवति. क्रु धातुः अनिट् धातुः, अतः एव तस्य रूपं कृतवान्, कृतं, कृतिः, कृत्वा. एते प्रत्ययाः तकारादिप्रत्ययाः. यद्यपि एते प्रत्ययाः तकारादिप्रत्ययाः, तथापि अत्र धातुः अनिट् धातुः, अतः इडागमः न दृश्यते. केवलं करिष्यति इत्यस्मिन् पदे एव अपवादत्वेन रुद्धनोः स्ये इति सूत्रेण इडागमः दृश्यते. इडागमसहितं रूपं लृट्लकारे द्रष्टुं शक्नुमः. स्याप्रत्ययः अन्यत्र कुत्र आयाति? लृङ्लकारे अपि आयाति खलु. लृङ्लकारे अपि तत्र इडागमः दृश्यते. अकरिष्यत् इति रूपं सिद्ध्यति लृङ्लकारप्रसङ्गे. वयं पठितवन्तः खलु, स्या इति प्रत्ययः न केवलं लृट्लकारे, लृङ्लकारे अपि आयाति. सूत्रमस्ति रुद्धनोः स्ये. ऋकारान्तधातूनां प्रसङ्गे, हन् धातोः प्रसङ्गे अपवादत्वेन तेन सूत्रेण इडागमसहितं रूपं लभ्यते. अतः हनिष्यति, हन् धातुः अनिट् धातुः, किन्तु लृट्लकारप्रसङ्गे इडागमः दृश्यते. अतः हनिष्यति इति लृट्लकाररूपं, लृङ्लकाररूपम् अहनिष्यत् इति रूपं भाति. इत्युक्ते लृट्लकारे लृङ्लकारे द्वयोः प्रसङ्गे स्याप्रत्ययः आयाति इति कारणतः ऋकारान्तानां प्रसङ्गे, हन् धातोः प्रसङ्गे अपवादत्वेन तेन सूत्रेण इडागमः दृश्यते. किन्तु वस्तुतः क्रूधातुः अनिट् धातुः. कर्तृप्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि सिद्ध्यन्ति. कर्तृ इत्यस्मात् पुंलिङ्गे कर्ता, स्त्रीलिङ्गे कर्त्री, नपुंसकलिङ्गे कर्तृ इति रूपं सिद्ध्यति. दाधातुतः दाता, दात्री, दातृ इति त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. क्रूधातुः दाधातुः अनिट् इत्यतः इडागमरहितं रूपं. स्पर्धिता, स्पर्धधातुः सेट्, अतः स्पर्धिता इति रूपम्. अपि च डिङ् इति धातुः अस्ति, डयिता इति रूपम्. इत्युक्ते धातुः सेट् अस्ति इति कारणतः अत्र चत्वारः प्रत्ययाः दत्ताः. अग्रे इतोपि पञ्चप्रत्ययाः सन्ति, अनियर्, णुवुल्, क्ता, क्त्वा, ल्युट्. तेषां प्रसङ्गे भवान् वदतु.
अनियर् इति अकारान्त अस्ति, इडागमस्य प्रसक्तिः नास्ति. अनियर् इत्यत्र रेफ अनन्तरम् इत्यस्य भवति, अनीय इति अवशिष्यते. कृ धातु स्वीकुर्मः चेत् तत्र कृयोग अनीय, अनीय इति आर्धदातुकप्रत्ययः अस्ति, अतः आर्धदातुक सार्वदातुक अर्धदातुक इत्यस्य गुणस्य प्रसक्ति. कृ इति इदन्त इगन्ताङ्गम् अस्ति, कृते ऋकारः अस्ति, अत्र कृ इति कर् इति भवति गुणः भूत्वा, करणीय इति भवति, अनन्तरं करणीय इति भवति, अनन्तरं दशाभ्यां नोणौ समानपद इत्यनेन करणीय इति भवति, णत्वं भवति.
तत्र रसाभ्यां नोणः समानपदे सूत्रेण भवति वा, नो चेत् अट्कुप्वाङ्गनं व्यवायेपि सूत्रेण
भवति वा?
उत्तमम्. अनियर् प्रत्ययः अवलादिः. अनियर् इति कथनेन तत्र अन्ते रेफः अस्ति, सः रेफः हलन्तिमित्यनेन इत्संज्ञकः भवति. अपि च प्रत्ययस्य आदिमवर्णः अकारः अवलादिः, वलादिः नास्ति इत्यतः अनिट् प्रत्ययः अस्ति. इत्युक्ते प्रत्यये एव इडागमयोग्यत्वं नास्ति इति कारणतः तत्र इडागमरहितं रूपमेव सिद्ध्यति. यः कोऽपि धातुः भवतु, धातोः परम् अनियर् प्रत्ययः अस्ति चेत् तत्र इडागमः न कदापि दृश्यते. गमनीयं, करणीयं, पठनीयं, खादनीयं, प्रत्यये एव इडागमयोग्यत्वं नास्ति अवलादिप्रत्ययः इति कारणतः करणीयम् इति रूपं सिद्ध्यति. अपि च अनियर् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. अनियर् प्रत्ययः कर्मार्थकप्रत्ययः. णुवल् प्रसङ्गे भवान् वदतु.
तत्र लकारस्य अनन्तरम् संज्ञा भवति णकारस्य आदिमनकारस्य चुटु इत्यनेन संज्ञा भवति ऊ अवशिष्यते योर्नाक इत्यनेन अक आदेशः भवति ऊ स्थाने इदानीं कृयोगाक इदानीं नूण् इति णित् अस्ति अतः अचौण् इति सूत्रेण तस्य ऋकारस्य वृद्धिः भवति कार इति भवति कारयोगाक कारक इति
कारक इति प्रातिपदिकं सिद्ध्यति कारकः पुंलिङ्गे कारिका इति स्त्रीलिङ्गे कारकम् इति नपुंसकलिङ्गे रूपाणि सिद्ध्यन्ति अनुबन्धलोपे सति वू अवशिष्यते पश्चात् युवोरणाकौ सूत्रेण अक आदेशः भवति तम् आदेशं कृत्वा प्रत्ययस्य आदिमवर्णः द्रष्टव्यः अक इति आदेशं कुर्मः चेत् सः प्रत्ययः अकारादिप्रत्ययः भवति अकारादिप्रत्ययः इति कथनेन अवलादिः अजादिप्रत्ययः अवलादिः अस्ति इति कारणतः द्वितीयसूत्रपर्यन्तं गमनस्य आवश्यकता नास्ति नेड् वशीकृतिसूत्रपर्यन्तं न गन्तव्यं प्रत्ययः अवलादिः अतः अनिट् प्रत्ययः अतः इडागमरहितं रूपमेव सिद्ध्यति कारकः पाठकः गायकः एतादृशानि रूपाणि वयं द्रष्टुं शक्नुमः अपि च क्ताप्रत्ययः क्ताप्रत्ययस्य प्रसङ्गे वदतु
क्ताप्रत्ययः तस्य ककारस्य दशक्तसंज्ञा भवति स इति अवशिष्यते त इति यतोहि इडनुकुल अस्ति वलादि अस्ति त इति परन्तु कृ इति वयम् उपरि द्रष्टं तस् अडिट् अस्ति अतः तत्र इडागमस्य प्रसक्तिः नास्ति केवलं वर्णमिलति कृयोगत् इदानीं गुणस्य प्रसक्तिः नास्ति किमर्थम् इत्युक्ते क इति कित् अस्ति अतः तत्र गुणस्य कोऽपि प्रसक्तिः नास्ति केवलं वर्णमिलनं कृत इति रूपं भवति
उत्तमं क्रूधातुं स्वीकुर्मः चेत् क्रूधातुः अनिट् धातुः इति कारणतः यद्यपि प्रत्ययः सेट् प्रत्ययः तकारादिप्रत्ययः अतः सेट् तकारः वली अस्ति इत्यतः सेट् प्रत्ययः किन्तु धातौ आनुकूल्यं नास्ति क्रूधातौ अतः इडागमरहितं रूपं कृतं क्ताप्रत्ययस्य प्रसङ्गे इडागमस्य विषये इडागमप्रकरणे बहवः अपवादाः सन्ति विशेषतया क्ताप्रत्ययस्य प्रसङ्गे बहवः अपवादाः सन्ति इडागमप्रकरणे बहूनि सूत्राणि सन्ति विशेषतया क्ताप्रत्ययस्य प्रसङ्गे बहूनि अपवादसूत्राणि सन्ति इडागमस्य प्रसङ्गे अहं पूर्वम् उक्तवती खलु क्रूधातोः प्रसङ्गे करिष्यति इति तत्र रुद्धनोः स्य इति अपवादसूत्रमस्ति एवमेव श्रुकः किति इति सूत्रेण भूधातोः प्रसङ्गे इडागमः निषिध्यते कित् प्रत्यये परे तदर्थमेव भूत भूतं भूतवान् भूत्वा इत्यादीनि रूपाणि इडागमरहितानि रूपाणि द्रष्टुं शक्नुमः यद्यपि भूधातुः सेट् एव क्त्वा इति प्रत्ययस्य विषये भवान् वदतु
क्त्वा इति तत्र ककारस्य शून्यं भवति पुनः शक्तेन त्वा अवशिष्यते त्वा अपि इडनुकुल अस्ति किमर्थम् इत्युक्ते स इति वन् प्रत्याहारे अस्ति परन्तु कृ इति अनिट् अस्ति अतः इडागमनं भवति कृयोगत्वा तत्र पुनः कित् अस्ति इति कृत्वा निति चेति सूत्रेण गुणनिषेधः केवलं वर्णमेलनं कृत्वा इति रूपं भवति
क्रूधातुः अनिट् धातुः अतः कृत्वा इति रूपम् अस्ति किन्तु पठ् धातुः अस्ति चेत् पठित्वा इति रूपं सिद्ध्यति खाद् धातुः अपि सेट् अस्ति इति कारणतः खादित्वा इति रूपं सिद्ध्यति वस्तुतः अयं प्रत्ययः सेट् प्रत्ययः तत्र धातोः रूपं कथमस्ति इत्युक्ते धातुः सेट् वा अनिट् वा इति द्रष्टव्यं धातुः अपि सेट् अस्ति चेत् इडागमः भवितुं शक्नोति अग्रे ल्युट् इति प्रत्ययस्य विषये दत्तमस्ति ल्युट् प्रत्ययः कीदृशः
इति टित् अस्ति तत्र टकारस्य हलन्त्यम् इत्यनेन संज्ञा भवति लकारस्य लशक्तति इत्यनेन संज्ञा भवति अर्धातुकृति अस्ति युकार अवश्यते युवर्नाक इत्यनेन अन आदेशः भवति इदानीं कृयोग अन तत्र कृयोग अन तत्र कर्योग कर्योग अन भवति करण इति भवति अनन्तरं करण इति रूपं भवति
उत्तमं करणम् इति रूपं सिद्ध्यति इत्युक्ते ल्युडन्तपदानि नपुंसकलिङ्गपदानि भवन्ति अत्र ल्युट् इति प्रत्यये तकारः इति संज्ञकः, लकारः लषक्वत् अधिते इति सूत्रेण इत्संज्ञकः भवति, यु अवशिष्यते, यु स्थाने युवोरनाकौ सूत्रेण अन आदिष्टः भवति, आदेशानन्तरम् एव प्रथमवर्णः द्रष्टव्यः। अन इत्यत्र अकारः अच्वर्णः अस्ति, अजादिप्रत्ययः अयं प्रत्ययः, अजादिः अस्ति इति कारणतः अवलादिः इति कथयितुं शक्नुमः। वल्प्रत्याहारे अकारः नास्ति। वल्प्रत्याहारे के के वर्णाः सन्ति? यकारं विहाय अन्यानि सर्वाणि व्यञ्जनानि वल्प्रत्याहारे सन्ति, स्वराः न सन्ति वल्प्रत्याहारे। क्रूधातुं स्वीकुर्मः चेत् क्रूधातुतः ल्युट् प्रत्ययस्य योजनेन तत्र ल्युट् प्रत्ययः इतोपि कीदृशः? कित् नित् नास्ति, णित् णित् नास्ति, इत्युक्ते अर्धधातुकसामान्यप्रत्ययः अस्ति। क्रूधातुः अजन्तधातुः अथवा इगन्तः इति वक्तव्यमस्ति। क्रूधातुः इगन्तधातुः, इक् प्रत्याहारे ऋकारः अस्ति। अपि च ल्युट् प्रत्ययः कित् नित् णित् नित् भिन्नः, अर्धधातुकसामान्यप्रत्ययः। अतः अत्र पुगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भूत्वा क्रू कर् भवति, कर् योगः अनकर्ण, तत्र णत्वं भूत्वा कर्ण इति रूपं सिद्ध्यति। सारांशः कः इत्युक्ते ल्युट् प्रत्ययः अनिट् प्रत्ययः, अजादिप्रत्ययः, अवलादिः, अतः अनिट् प्रत्ययः। यत्किमपि पदं स्वीकरोतु, ल्युडन्तपदं, न कदापि तस्मिन् पदे इडागमः दृश्यते। तदर्थमेव पठनं, खादनं, गमनं, चिन्तनं, पठनं, खादनं, गमनं, चिन्तनम् इत्यादिषु इडागमः न दृश्यते। सारांशत्वेन एकं वाक्यं लिखितमस्ति, तत् पठित्वा समापयतु।
एवमेव अर्धधातुकप्रत्ययः परे सति इत् नाम इ इति आगमः कुत्रचित् धातुः प्रत्ययोः मध्ये उपविशति, यथा दृष्टं पूर्वं धातुः अपि सेट् स इट् प्रत्ययः अपि सेट् चेदेव इडागमो भवति। धातुप्रत्ययो मध्ये एकोपि अनिट् अन् इट् चेत् इडागमो न भवति। द्वयमपि सेट् चेदपि कुत्रचित् अपवादत्वेन इडागमो न भवति, परन्तु द्वयोर्मध्ये एक अनिट् चेत् इडागमो नैव भवति। अत्र इडागम कृते, इडागमस्य कृते धातुः अपि सेट् भवनीयं, प्रत्ययः अपि इडनुकूलं भवनीयम्। यत्र यः कोऽपि यदा धातुः अनिट् अस्ति चेत् अथवा प्रत्ययः अनिट् अस्ति चेत् तत्र इडागमः न भवति, परन्तु कुत्रचित् अपवादत्वेन धातुप्रत्ययमध्ये एकोपि अनिट् अस्ति चेत् इडागमः न भवति। द्वयमपि सेट् चेत् अपि कुत्रचित् अपवादत्वेन इडागमः न भवति। तत्र सूत्राणि सन्ति तत्र इडागमनिषेधस्य कृते, यतो हि धातुः अपि सेट् अस्ति, प्रत्ययः अपि सेट् अस्ति, तथापि इडागमः न भवति। तदेव रीत्या परन्तु द्वयोर्मध्ये एक अनिट् चेदपि, द्वयोर्मध्ये एक अनिट् अस्ति चेत् इडागमः नैव भवति एव। तस्य कृते कोऽपि सूत्रस्य आवश्यकता नास्ति, इडागमः नैव भवति एव।
धन्यवादाः। पूर्वस्मिन् परिच्छेदे एकं वाक्यं सारांशत्वेन लिखितं खलु, यावन्तः कृत् प्रत्ययाः अशितः सन्ति अनियर् नुवुल् क्ता क्त्वा ल्युट्, एतेषां चिन्तनं वयं कृतवन्तः। ते प्रत्ययाः सेट् वा अनिट् वा इति वयं ज्ञातवन्तः, किन्तु अत्र एकं वाक्यं लिखितम् अस्ति, यावन्तः कृत् प्रत्ययाः अशितः सन्ति ते सर्वे अर्धधातुकाः, अतः तत्र इडागमविचारः करणीयः इति मुख्यं वाक्यम् अस्ति। उपरि चत्वारः प्रत्ययाः दत्ताः, तेषां प्रसङ्गे वयम् इडागमचिन्तनं कृतवन्तः। अपि च अहं पूर्वम् उक्तवती, स्वराङ्कितधातुपाठं पश्यामश्चेत् धातुः सेट् वा अनिट् वा इति वयं ज्ञातुं शक्नुमः। ते धातवः अस्माकं मनसि सन्ति चेत् अस्माकं कार्यं सुलभं भवति, इत्युक्ते अजन्तधातवः प्रायशः सर्वे अनिटः। चतुर्दश अजन्तधातूनां स्मरणं कुर्मः चेत्, तेषां कण्ठस्थीकरणं कुर्मः चेत् अजन्त सेट् धातून् जानीमः, अस्माकं कार्यं सुलभं भवति। एवमेव हलन्तधातवः प्रायशः सर्वे सेटः, केवलं द्वादशाधिक एकशतं धातवः सन्ति, द्वादशाधिक एकशतं हलन्तधातवः अनिटः सन्ति। तान् धातून् त्यक्त्वा अन्ये सर्वे धातवः सेटः एव, केवलं हलन्त अनिट् धातूनां प्रसङ्गे द्वादशाधिक एकशतं सन्ति. तेषां कण्ठस्थीकरणेन अस्माकं कार्यं सौकर्येण भवति इति एकः उपायः. अपि च धातवः वेटः अपि सन्ति. वेट् धातूनां प्रसङ्गे अपि सूत्राणि सन्ति. वेट् धातुषु किं भवति, एकस्मिन् पक्षे ते धातवः सेटः भवन्ति, अन्यस्मिन् पक्षे ते धातवः अनिटः भवन्ति. इत्युक्ते एकस्मिन् पक्षे इडागमसहितं रूपम्, अन्यस्मिन् पक्षे इडागमरहितं रूपं सिद्ध्यति तत्र. तदर्थं रथादिभ्यश्च इति सूत्रमस्ति. के धातवः वेट् धातवः इति तेन सूत्रेण उच्यते. रथादिभ्यश्च इति सूत्रे के धातवः उल्लिखिताः इति भाति, केषां धातूनाम् उल्लेखः अस्ति तस्मिन् सूत्रे इत्युक्ते रद्धु नश्यु तृप्पु दृप्पु दृः मुः श्नुः स्नेहो, एते धातवः वेट् धातवः. रथादिभ्यश्च सूत्रेण ते धातवः वेटः भवन्ति. तेषु धातुषु इडागमः विकल्पेन भवति. रथादिभ्यश्च सूत्रेण एव नश् धातुः वेट् भवति. इत्युक्ते तेषु धातुषु नश् धातुः अपि अन्यतमः अस्ति. नश् धातुः तस्मिन् सूत्रे उल्लिखितः अस्ति इति कारणतः नश् धातुः वेट् भवति, विकल्पेन इडागमः भवति. तदर्थमेव नश् धातोः लृट् लकाररूपं पश्यामश्चेत् नौङ्क्ष्यति इति एकं रूपम् अस्ति, नशिष्यति इति अन्यद् रूपम् अस्ति. लृट् लकारः आर्धधातुकलकारः खलु, अतः इडागमचिन्तनं करणीयम्. नश् धातोः प्रसङ्गे लृट् लकाररूपं पश्यामश्चेत् नौङ्क्ष्यति नशिष्यति इति रूपं भवति. नशिष्यति इत्यत्र इडागमः दृश्यते, नौङ्क्ष्यति इत्यत्र इडागमः नास्ति, किन्तु तत्र अन्यानि कार्याणि भवन्ति. अपि च एकम् अन्यत् सूत्रमस्ति, निरः कृशः इति सूत्रमस्ति. निरः कृशः इति सूत्रं कृश् धातोः प्रसङ्गे कार्यं करोति. तेन सूत्रेण कृश् धातुः अपि वेट् भवति. अपि च एकम् अन्यत् सूत्रमस्ति, स्वरिति सूति सूयति धूदितो वा इति सूत्रं. वा इति कथनेन विकल्पेन इडागमः भवति इति अर्थः अस्ति. तस्मिन् सूत्रे वेट् धातवः उक्ताः. एतेषु सूत्रेषु सूत्रे एव के धातवः वेटः भवन्ति इति उक्तमस्ति. स्वरिति सूति सूयति धूनूदितो वा इति सूत्रे ये ये धातवः दत्ताः ते धातवः ऊदितः. ऊदितः इति कथनेन दीर्घ ऊकारः इति संज्ञकः इति अर्थः अस्ति. ऊदित् धातवः, ऊदित् धातवः वेटः भवन्ति इति अर्थः अस्ति. तत्र ऊकारः अनुनासिकः अस्ति. उपदेशजनुनासिक इत् इति सूत्रेण तस्य इत् संज्ञा भूत्वा लोपः भवति. ऊदित् धातवः वेटः भवन्ति. वयं जानीमः खलु यत्र कुत्रापि यस्य कस्यापि वर्णस्य इत् संज्ञा न कृता पाणिनिना प्रयोजनं विना इति वयं जानीमः. प्रयोजनं विना यस्य कस्यापि वर्णस्य इत् संज्ञा न कृता पाणिनिना, इत्संज्ञकवर्णस्य प्रयोजनम् अस्ति एव. एतेषु धातुषु दीर्घ ऊकारः इत्संज्ञकः अस्ति. एते धातवः ऊदित् धातवः. ऊदित् धातुः अस्ति इति कारणतः तेषु धातुषु इडागमः विकल्पेन भवति. इत्युक्ते ते धातवः वेटः. अहं त्रीणि सूत्राणि उक्तवती, रथादिभ्यश्च अपि च स्वरिति सूति सूयति धूनूदितो वा, अपि च निरः कृशः इति सूत्रमस्ति. तत् सूत्रं कृश् धातोः प्रसङ्गे इडागमकार्यं विकल्पेन करोति. अग्रे महोदयेन उक्तमेव, अग्रिमपरिच्छेदे यद्दत्तं तत्तु पठितमेव. वस्तुतः प्रत्ययस्य इडागमः भवति इति ज्ञातव्यम्. इडागमः इट् आगमः इति वदामः. इट् आगमः टित् अस्ति इति कारणतः आद्यन्तौ टकितौ इति परिभाषासूत्रेण टित् आगमाः आगमिनः आदौ आयान्ति. इट् आगमः प्रत्ययस्य आदिम अवयवः भवति. आर्धधातुकस्य ड्वलादेः सूत्रं विधिसूत्रं, नेड्वशीकृति इति इडागमनिषेधकसूत्रमस्ति. आर्धधातुकस्य ड्वलादेः इति सूत्रं परिचितं सूत्रमेव, तस्मिन् प्रसङ्गे एकवारं पठामः. सुजाता भगिनी भवती पठतु, सूत्रं किं वदति, भवत्याः अवगमनं किम्?
आर्धधातुकस्य इड्वलादे सप्तमाध्याये द्वितीयपादे पञ्चत्रिंशत्तमं सूत्रमस्ति. आर्धधातुकप्रत्ययस्य आदौ वल्प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति.
वलादेरार्धधातुकस्येडागमः तत्र गुणसन्धिकार्यमस्ति खलु. आर्धधातुकस्य योगः इडागमः, तत्र गुणसन्धिकार्यं भूत्वा आर्धधातुकस्येडागमः. वदतु.
इट् आगमः टित् अतः आद्यन्तौ तकितौ इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य सः वलादिः बहुव्रीहिः तस्य वलादेः. अर्धधातुकस्य षष्ट्यन्तम् इट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः अर्धधातुकस्य इट् अर्धधातुकस्य वलादे सूत्रं वदति. अर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अस्ति चेत् वल् प्रत्याहार अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. वल् प्रत्याहारे यकारं विहाय अन्य व्यञ्जनानि सन्ति. आद्यान्तौ तकितौ इत्यनेन इडागम प्रत्ययस्य आदौ आयाति. वल्लाद तावदेव भगिनि. अङ्गस्य अधिकारः अस्ति इच्छनेन अङ्गात् वलादेः आर्धधातुकस्य इट्.
अवगतं खलु?
आं भगिनि.
उत्तमं. वलादिः इति पदमस्ति. वलादिः इति पदं समस्तपदमस्ति. समस्तपदमस्ति इति कारणतः तत्र समासः कः इति द्रष्टव्यम्. अस्मिन् पदे बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति. वलादिः प्रत्ययः. वलादिप्रत्ययः इति अर्थः अस्ति. प्रत्ययः इति विशेष्यम् अस्ति. वलादिः इति विशेषणमस्ति. वलादिः इत्यत्र विग्रहवाक्यं वल् आदौ यस्य सः वलादिः. वलादेः इति षष्ट्यन्तमस्ति. वल् आदौ यस्य सः वलादिः तस्य इति विग्रहवाक्यम्. एवं रीत्या समस्तपदानां विग्रहवाक्यानि वक्तव्यानि. आर्धधातुकस्य इति षष्ट्यन्तमस्ति. इट् प्रथमान्तं, वलादेः षष्ट्यन्तं, त्रिपदमिदं सूत्रं. वलादेः आर्धधातुकस्य द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. वलादि आर्धधातुकप्रत्ययस्य इडागमः भवति इति विषयः खलु. अत्र विशेष्यं किम्? आर्धधातुकस्य इति विशेष्यमस्ति. वलादेः इति विशेषणमस्ति. द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. इदं सूत्रम् अङ्गाधिकारे अस्ति. अतः अङ्गात् परं वलादि आर्धधातुकप्रत्ययः अस्ति चेत् तादृशप्रत्ययस्य इडागमः भवति. इदं सूत्रम् इडागमविधायकसूत्रमस्ति. आर्धधातुकस्येड् इति कथनेन तत्र गुणसन्धिकार्यमस्ति. आर्धधातुकस्य योगः इट् आर्धधातुकस्येड् इति रूपं सिध्यति. अग्रे इडागमनिषेधकसूत्रं दत्तमस्ति. अञ्जलि भगिनी, भवती वदतु.
नेड् वशीकृति सप्तमे अध्याये द्वितीये पाते अष्टमं सूत्रं. कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्त्यम् वर्णः अस्ति चेत् तस्य इडागमो न भवति. यस्मिन् विधिस्तदादावल् ग्रहणे इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति. तादृशः प्रत्ययः यस्य आदौ वश् यस् वश् स्यात्. वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः चतुर्थः पञ्चमश्च सदस्याः वकार रेफ लकाराः च नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा श श श स ह चेत् इडानुकूलः न अव्ययपदम् इट् प्रथमान्तं वश्यि सप्तम्यन्तं कृतिसप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् न इट् वशीकृति अस्तु नेड् वशीकृति इति आर्धधातुकस्य वलादेः इत्यस्य निषेधकसूत्रं वयं जानीमः यदा आर्धधातुकप्रत्ययः अस्ति तस्य आदौ वल् प्रत्याहारस्थ इत्युक्ते यकारविहाय कोऽपि व्यञ्जनानि सन्ति चेत् तत् आर्धधातुकप्रत्ययः इडनुकूलः भवति इत्युक्ते तत् प्रत्ययस्य इडागमः भवति परन्तु नेड् वशीकृति इति सूत्रं वदति यदा आर्धधातुकप्रत्ययः कृत् प्रत्ययः अस्ति तस्य आदौ वर्णः वश् इति प्रत्याहारस्थवर्णः अस्ति तत् प्रसङ्गे यद्यपि तत् कृत् प्रत्ययः आर्धधातुकः अस्ति वलादि वशादि अस्ति इति कारणतः तत् प्रत्ययस्य इडागमः न भवति अत्र
इदं सूत्रं स्वतन्त्रतया कार्यं कर्तुं शक्नोति वा
न कर्तुं शक्नोति सः आर्ध तत् प्रत्ययः आर्धधातुकः भवेत्
अत्र मम आशयः कः इत्युक्ते इदं सूत्रं स्वतन्त्रतया कार्यं कर्तुं न शक्नोति किमर्थं चेत् यदा कदापि तत्र विधानमस्ति चेदेव निषेधः इति चिन्तनं भवितुं शक्नोति खलु तदर्थं स्वतन्त्रतया इदं निषेधकसूत्रम् आगत्य कार्यं कर्तुं न शक्नोति यत्र कुत्रापि सूत्रस्य विधानमस्ति चेदेव तत्र निषेधकसूत्रम् आगत्य कार्यं कर्तुं शक्नोति खलु अपि च अत्र एकं वार्तिकं दत्तमस्ति तस्य अवसरः कः तस्य आवश्यकता किमर्थमस्ति अत्र यस्मिन् विधिस्तदादावल्ग्रहणे इति वार्तिकम् अस्ति तस्मिन् प्रसङ्गे किञ्चित् वदतु
इत्युक्ते
श्रुतवती खलु यस्मिन् विधिस्तदादावल्ग्रहणे इति वार्तिकम् अस्ति
किञ्चित् विस्मृतवती
भवती यद् अवगतवती तद्वदतु नो चेत् अग्रे किं लिखितमस्ति तद्वदतु
यदि कृत् प्रत्ययः वशादिप्रत्ययप्रत्याहारस्य वर्णः अस्ति अथवा तादृशप्रत्ययः यस्य आदौ वर्णः वश् प्रत्याहारस्थ अस्ति
मम अवगमनं यदस्ति तद्वदामि यस्मिन् विधिस्तदादावल्ग्रहणे इति वार्तिकम् अत्र दत्तमस्ति वार्तिकस्य आवश्यकता अत्र किमर्थम् अस्ति इति प्रश्ने सति वयं पूर्वं पठितवन्तः सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसङ्गे त्रीणि परिभाषासूत्राणि दृष्टवन्तः इकोगुणवृद्धि इति सूत्रं दृष्टवन्तः सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसङ्गे एकः अङ्गस्य गुणः भवति इति वयं पठितवन्तः तादृश अर्थं साधयितुं तत्र येन विधिस्तदन्तस्य इति सूत्रम् आवश्यकमस्ति एकः अङ्गस्य गुणः भवति इति अर्थं साधयितुं येन विधिस्तदन्तस्य इति परिभाषासूत्रम् आगत्य तत्र तदन्तविधिं करोति इत्युक्ते तत्र येन विधिस्तदन्तस्य परिभाषासूत्रेण तदन्तविधिः भवति यस्मिन् विधिस्तदादावल्ग्रहणे इति वार्तिकं तस्य सूत्रस्य अन्तर्गतं वार्तिकं येन विधिस्तदन्तस्य इति परिभाषासूत्रस्य अन्तर्गतं वार्तिकम् एव तस्मिन् विधिस्तदादावल्ग्रहणे इति सूत्रं येन विधिस्तदन्तस्य इति सूत्रेण कार्यं भवति चेत् समस्या जायते अत्र किं लिखितमस्ति वशीकृति इति लिखितम् अस्ति सूत्रे. नेड् वशीकृति न इत् वशीकृति इति तत्र सूत्रार्थः अस्ति. वशीकृति इत्यत्र वशी इति विशेषणम् अस्ति. वशी इति सप्तम्यन्तं पदं, कृति अपि सप्तम्यन्तं पदं, कृति इति विशेष्यमस्ति, वशी इति विशेषणमस्ति. वशीकृति द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. सूत्रेषु यत्र कुत्रापि विशेषणविशेष्यभावः पदयोर्मध्ये अस्ति चेत् तदा येन विधिस्तदन्तस्य इति परिभाषासूत्रम् आगत्य साधयितुं प्रयत्नं करोति. तादृश अर्थः अत्र न अपेक्षितः. इत्युक्ते येन विधिस्तदन्तस्य इति सूत्रेण कार्यं भवति चेत् अत्र भिन्न अर्थः सिध्यति. तादृश अर्थः अत्र न अपेक्षितः. तदर्थं येन विधिस्तदन्तस्य इति परिभाषासूत्रस्य अपवादत्वेन अपवादरूपेण यस्मिन् विधिस्तदादावल्ग्रहणे इति वार्तिकम् आगत्य कार्यं करोति. वदतु.
येन विधिस्तदन्तस्य इत्यनेन यः कार्यं भवति तत् कार्यम् अल अन्त्यस्य इत्यनेन अन्तिम अल्वर्णस्य स्थाने भवति. तस्य अपवाद यस्मिन् विधिस्तदादावल्ग्रहणे इति वार्तिकं वदति. यः कोऽपि कार्यं भवति तत् न तु अन्तिम अल्वर्णस्य स्थाने भवति, परन्तु आदौ यः अल् वर्णः अस्ति तत् वर्णस्य स्थाने भवति. अपि च अस्मिन् सूत्रे नेडवशीकृति इति सूत्रे तत् आदौ वर्णः वश् प्रत्याहारस्य वर्णः अस्ति चेत् इडागमस्य निषेधः जातः.
बहु सम्यक्. अत्र वश्वर्णः आदौ अस्ति चेदेव इष्टरूपं प्राप्नुमः. वश् प्रत्याहारस्थवर्णः प्रत्ययस्य आदिमवर्णः अस्ति चेदेव नेड् वशीकृति इति सूत्रेण कार्यं भवति इति अवगन्तुम् इदं वार्तिकम् आवश्यकम् अस्ति. आर्धधातु कृत् प्रत्ययस्य आदौ एव वश्वर्णः स्यात् इति कथं जानीमः? तादृश अर्थं साधयितुं यस्मिन् विधिस्तदादावल्ग्रहणे इति वार्तिकम् आवश्यकमस्ति. इत्युक्ते कृत् प्रत्ययस्य आदिमवर्णः एव वश्वर्णः, अन्तिमवर्णः नास्ति. कृत् प्रत्ययस्य मध्ये अपि सः वश्वर्णः भवतु इति अर्थः तत्र नास्ति. कृत् प्रत्ययस्य आदिमवर्णः वश्वर्णः अस्ति चेदेव इडागमः न भवति इति अवगन्तुम् इदं वार्तिकम् आवश्यकमस्ति. यस्मिन् विधिः तदादौ अल्ग्रहणे इति भिन्नरीत्या वक्तुमिच्छामश्चेत् यत्र यत्र सप्तमी विभक्तौ एकवर्णात्मकं विशेषणं प्रयुक्तमस्ति तत्र तदन्तविधेः अपवादरूपेण तदादिविधिः भवति. येन विधिस्तदन्तस्य इति सूत्रेण तदन्तविधिः भवति, किन्तु अनेन वार्तिकेन तदादिविधिः भवति. नेड् वशीकृति इत्यस्मिन् सूत्रे वशी इति सप्तम्यन्तं पदमस्ति. कृति इति शब्दस्य विशेषणरूपेण प्रयुक्तमस्ति. वशी इत्यनेन वश् प्रत्याहारस्थवर्णः इति वर्णनिर्देशः भवति इति कारणतः अनेन वार्तिकेन तदादिविधिः भूत्वा इडागमः न भवति इति मम अवगमनमस्ति. अयम् इडागमः प्रत्ययस्य आदिम अवयवः भवति. भवती वदतु, भवत्याः अवगमनं किम्?
आम्, तादृश अस्ति. यदा प्रत्ययस्य अथवा यस्य कोऽपि प्रत्ययस्य इडागमः जातः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ भवति, अपि च सः प्रत्ययस्य भागः भवति.
प्रत्ययस्य आदिम अवयवः भवति,
आदिम अवयवति, न तु धातोः अवयवः भवति इति मम अवगमनम् अस्ति.
वश् प्रत्याहारस्थवर्णः आदौ एव भवेत् इति कथं जानीमः इत्युक्ते अनेन वार्तिकेन सः विषयः ज्ञायते. अग्रे भवती एव पठतु.
सारांशः एवं यत् आर्धधातुक कृत् प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः सदस्यः श, श, स, ह, च इत्येषु अन्यतमः चेत् सः प्रत्ययः इडनुकूलः भवति. धातुः अपि सेट् चेत् सामान्यतया इडागमो भविष्यति. अत्र आर्धधातुककृत्प्रत्ययः तस्य आदिमवर्णः यदा वर्गीयप्रथमः अथवा वर्गीयद्वितीयः सदस्य अथवा उष्माणः वर्णः अपि हकारः इत्येषु अन्यतमः अस्ति चेत् तत् आर्धधातुककृत्प्रत्ययः इडनुकूलः इति वक्तुं शक्नुमः. इडागमः तदा भवति यदा धातुः अपि सेट् अस्ति. यदा धातु अनिट् अस्ति तत् प्रसङ्गे यद्यपि आर्धधातुककृत्प्रत्ययः इडनुकूलः भवेत् परन्तु इडागमः न जातः. अतः इडागमः इट् आगमः कृते धातुः अपि सेट् भवेत् अपि च प्रत्ययकृत् आर्धधातुकप्रत्ययः अपि च आर्धधातुककृत्प्रत्ययः इडनुकूलः भवेत् तदानीम् एव आर्धधातुककृत्प्रत्ययस्य इडागमः भविष्यति.
इत्युक्ते द्वयोः अपि आनुकूल्यम् आवश्यकमस्ति. आर्धधातुककृत्प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः सदस्यः सशसः तेषु अन्यतमवर्णः अस्ति चेत् इडनुकूलः भवति. अग्रे पठतु.
यथा नूल् अनितः तृच् सेट् नूल् धातोः परे चेत् इडागमः न कदापि भवति. तृच् सेट् अस्ति अतः धातुः अपि सेट् चेत् इडागमः सम्भवति. भवति इति सामान्यनियमः परन्तु केचन अपवादाः सन्ति. अत्र उदाहरणार्थं नूल् इति प्रत्ययः अस्ति. तत् किमर्थम् अनिट् अस्ति इत्युक्ते नूल् इति प्रत्ययस्य लकारस्य इति संज्ञा भवति. आदौ यः णकारः अस्ति तस्य चुटु इति सूत्रेण इति संज्ञा तस्य लोपः जातः. वु इति अवशिष्यते. तत्र अन्य वु इति अवलादि आर्धधातुकप्रत्ययः अस्ति. किमर्थम् इत्युक्ते तस्य युवोरनाकौ इति अन्यत् एकं सूत्रम् अस्ति. तेन सूत्रेण वु स्थाने अक आदेशः जातः. अक इति पश्यामः चेत् तस्य आदिमवर्णः अजन्तवर्णः अस्ति. अतः प्रत्ययः अवलादि इति भवति. इति कारणतः नूल् इति प्रत्ययः यद्यपि कृत् प्रत्ययः अस्ति अनिट् प्रत्ययः अस्ति. अतः तृच् योगः नूल् इति प्रसङ्गे तृच् यद्यपि सेट् अस्ति परन्तु नूल् अथवा तस्य निरनुबन्धः अपि च परिवर्तनं रूपः अक अस्ति सः अनिट् अस्ति. इति कारणतः
भगिनी भ्रमः मास्तु, द्वयोः मेलनं न करोतु. नूल् प्रसङ्गे भवती वदन्ती अस्ति, वदतु. नूल् भिन्नप्रत्ययः, तृच् भिन्नप्रत्ययः.
क्षम्यता, मम दोषः जातः. यदा कस्मिन् धातोः परे नूल् इति प्रत्ययः योजयामः चेत् यदा धातु सेट् अस्ति चेत्
खलु अतः न कदापि णुवुल् प्रत्ययान्तरूपाणि इडागमसहितानि भवन्ति. क्रू धातुतः णुवुल् योजनेन कारकः, पठ् धातुतः पाठकः, भू धातुतः भावकः इत्यादीनि रूपाणि पश्यामश्चेत् णुवुल् प्रत्ययान्तरूपाणि इडागमरहितानि एव भवन्ति. किमर्थं चेत् सः प्रत्ययः वस्तुतः अनिट् प्रत्ययः. कथम् अनिट् भवति इति प्रश्ने सति समीचीनतया पाणिनिना आदेशः अपि कृतः. पश्यतु, अत्र अनुबन्धलोपानन्तरं वु अवशिष्यते. तदा वयं प्रत्ययस्य आदिमवर्णं पश्यामश्चेत् वकारः अपि वल् प्रत्याहारे अस्ति, किन्तु वश् प्रत्याहारे अपि अस्ति. अनुबन्धलोपानन्तरं वु अवशिष्यते. वु इत्यत्र वकारं स्वीकुर्मः चेदपि वकारः वल् प्रत्याहारे अस्ति अपि च अयं प्रत्ययः अर्धधातुककृत् प्रत्ययः अस्ति इति कारणतः वशादिः अपि इत्युक्ते वल् प्रत्याहारे वश् वर्णाः अपि अन्तर्भूताः अतः वु इति अनिट् भवितुं शक्नोति. पाणिनिना बहु समीचीनतया विचिन्त्य आदेशः कृतः, आदेशं कृतवान् सः. कथम् इत्युक्ते वु स्थाने अक आदेशः भवति. अक आदेशः भवति चेत् तस्य अनन्तरं पश्यामश्चेत् सः प्रत्ययः अजादिः भवति इत्यतः अनिट् भवति. वू स्वीकुर्मः चेदपि अनिट् एव भवति. आदेशानन्तरं पश्यामश्चेदपि अजादिः अवलादिः अनिट् एव भवति खलु.
आम्,
तृच् वदतु.
तृच् इत्यस्मिन् चकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा तस्य लोपः तृ इति अवशिष्यते. तृ इत्यस्मिन् आदौ वर्णः तकारः अस्ति, सः वलादि अस्ति इति कारणतः सः प्रत्ययः इडनुकूलः अस्ति. समीचीनं वा?
उत्तमं. प्रत्ययः तु सेट् एव, किन्तु तत्र धातुः कीदृशः इत्यस्य आधारेण तत्र इडागमः भवति वा न वा इति द्रष्टव्यमस्ति. सेट् प्रत्ययः. क्रु धातुं स्वीकुर्मः चेत् कर्तृ इति तत्र धातौ आनुकूल्यं नास्ति, धातौ आनुकूल्यं नास्ति. धातुः अनिट् धातुः इत्यतः तत्र इडागमरहितं रूपं सिध्यति. किन्तु पठ् धातुं स्वीकुर्मः चेत् पठितृ इति प्रातिपदिकं सिध्यति. पठ् धातुः सेट्, अतः पठितृ इति प्रातिपदिकं पुंलिङ्गरूपं पठिता. एवमेव खाद् धातुः अपि सेट् धातुः, अतः खादितृ इति प्रातिपदिकं खादिता इति पुंलिङ्गरूपम्. आवरणे किं लिखितं?
भवति इति सामान्यनियमः, परन्तु केचन अपवादाः सन्ति. इत्युक्ते धातु सेट् अस्ति, अपि च प्रत्ययः अपि इडनुकूलः अस्ति, तदानीं प्रत्ययस्य इडागमः भवति इति सामान्यनियमः. कश्चन प्रसङ्गे यद्यपि धातु सेट् अस्ति, प्रत्ययः अपि इडनुकूलः अस्ति, तदानीं कश्चन अपवादरूपेण इडागमः न जातः.
उत्तमम्. अग्रिमे परिच्छेदे केचन आर्धधातुककृत् प्रत्ययाः दत्ताः, ते प्रत्ययाः सेटः वा अनिटः वा वदतु. अत्र केचन प्रत्ययाः दत्ताः, तेषां प्रसङ्गे आदौ अनुबन्धलोपं करोतु, पश्चात् सः प्रत्ययः सेट् वा अनिट् वा वदतु.
अनियर् तस्य निरनुबन्धरूपम् अस्ति. अनीय तस्य आदिमवर्णः अ अस्ति, अजादि अस्ति, वलादि नास्ति इति कारणतः प्रत्ययः अनिट् अस्ति. क्त प्रत्ययः तस्य आदिमवर्णः क, तस्य लशक्वतदिते इत्यनेन इत्संज्ञा तस्य लोपः, अतः निरनुबन्धरूपम् अस्ति त. त इति वलादि कृत् प्रत्ययः अस्ति, अतः आर्धधातुकस्य वलादेः इत्यनेन इडनुकूलः अस्ति अथवा सेट् अस्ति. तादृश अपि तव्यत्.
तत्र वलादिः अस्ति इति पर्याप्तं वा, नो चेत् नेड् वशीकृति इति सूत्रपर्यन्तमपि गन्तव्यं वा?
अत्र त इति वलादि अस्ति, परन्तु वशादि नास्ति इति कारणतः निषेधकसूत्रं कार्यं न करोति. आर्धधातुकस्य वलादेः इति सूत्रेण त प्रत्ययः इडनुकूलः भवति अथवा सेट् अस्ति. तादृश अपि तव्यत्. तव्यत् इत्यस्मिन् तकारस्य इत्संज्ञा निरनुबन्धरूपं तव्य. अत्र अपि तकारः वलादिप्रत्याहारस्थ अस्ति, वशादिप्रत्याहारस्थ नास्ति, अतः आर्धधातुकस्य वलादेः इति सूत्रम् एवं कार्यं करोति. अत्र नेड् वशीकृति इति निषेधकसूत्रं कार्यं न करोति. तव्य इति सेट् प्रत्ययः भवति. तादृश अपि क्त्वा प्रत्ययः. अत्र ककारस्य लशक्वतदिते इत्यनेन इत्संज्ञा तस्य लोपः, अतः त्वा इति निरनुबन्धरूपम्, अत्रापि तकारः आदिमवर्णः अस्ति, वलादि अस्ति, अतः आर्धधातुकस्य वलादेः इत्यस्य प्रसङ्गः अस्ति, वशादि नास्ति, अतः नेड् वशीकृति इति सूत्रस्य कार्यं नास्ति, अतः अन्तिमे आर्धधातुकस्य वलादेः इति सूत्रेण त्वा प्रत्ययः अपि सेट् भवति. ल्युट् इत्यस्मिन् लकारस्य आदिमवर्णः लकारः, तस्य लशक्वतदिते इत्यनेन इत्संज्ञा तस्य लोपः, टकारस्य हलन्तम् इत्यनेन इत्संज्ञा तस्य लोपः जातः, यु एव अवशिष्यते. यु अस्ति चेत् तस्य आदेशः अन् इति भवति युवोर्नाकौ इति सूत्रेण, अतः आदेशरूपेण यः अन् अस्ति, अन अस्ति क्षम्यताम्, तत् आदिमवर्णः अकारः अस्ति, प्रत्ययः अवलादि अस्ति, अतः आर्धधातुकस्य वलादेः इति सूत्रस्य प्रसङ्गः एव नास्ति, अतः प्रत्ययः अनिट् अस्ति. तव तु अत्रापि प्रत्ययस्य निरनुबन्धरूपं तवत् आदिमवर्णः तकारः, वलादि अस्ति, वशादि नास्ति, अतः आर्धधातुकस्य वलादेः इति सूत्रस्य एवं कार्यं भवति, निषेधकसूत्र नेड् वशीकृति इत्यस्य प्रसङ्गः नास्ति, अतः प्रत्ययः सेट् अस्ति. तुमुन् इत्यस्मिन् अपि निरनुबन्धरूपम् अस्ति तुम्, आदिमवर्णः अस्ति तो, तो वलादि अस्ति, अतः आर्धधातुकस्य वलादेः इत्यस्य कार्यम् अस्ति, वशादि नास्ति इति कारणतः नेड् वशीकृति इति सूत्रं कार्यं न करोति, अतः अन्तिमे अन्ततो गत्वा आर्धधातुकस्य वलादेः इति सूत्रेण तुमुन् अथवा तुम् इति आर्धधातुककृत्प्रत्ययः अपि सेट् भवति.
बहु उत्तमरीत्या उक्तवती, धन्यवादाः. क्ता प्रत्ययः, तव्यत् प्रत्ययः, क्त्वा प्रत्ययः, क्तवतु प्रत्ययः, तुमिन् प्रत्ययः, एते सर्वे प्रत्ययाः अनुबन्धलोपानन्तरं तकारादिप्रत्ययाः. तकारः वल्प्रत्याहारे अस्ति इत्यतः एते प्रत्ययाः सर्वे सेटः, सर्वे तकारादिप्रत्ययाः सेटः भवन्ति, किन्तु तत्र अपवादः अस्ति. क्तिन् प्रसङ्गे भवती किं पठितवती? क्तिन् प्रत्ययः तकारादिप्रत्ययः एव, इत्युक्ते क्तिन् इत्यत्र ककारः लशक्वत धिते इत्यनेन इत्संज्ञकः भूत्वा ति अवशिष्यते. क्तिन् प्रत्ययः अपि तकारादिप्रत्ययः एव, किन्तु सः प्रत्ययः सेट् न भवति इति ज्ञातवती खलु?
न भगिनि, न जानामि.
नरसिंह हेग्डे महोदय, भवान् वदतु, क्तिन् प्रत्ययः किमर्थं सेट् प्रत्ययः नास्ति, यद्यपि तकारादिप्रत्ययः वलादिप्रत्ययः?
तत्र एकं विशेषसूत्रमस्ति, ति तूत्र सरकसेषु च इत्यनेन तत् इति तस्य इडनुकुलं निषेधः भवति.
बहु सम्यक् महोदय. तत्र दशप्रत्ययाः सन्ति आर्धधातुककुरुत् प्रत्ययाः, तेषां प्रसङ्गे इडागमनिषेधः भवति. ति तूत्राता थ सि सूर् सरकसेषु च इति सूत्रमस्ति. तस्मिन् सूत्रे दशप्रत्ययाः आर्धधातुककृत् प्रत्ययाः, दशप्रत्ययाः उक्ताः, तेषां प्रसङ्गे इडागमः न भवति. तत् सूत्रम् अपवादसूत्रम्. आर्धधातुकस्य वलादेः इति सूत्रम् अस्ति, तथापि तस्य कृते अपवादसूत्रम् अस्ति. तदर्थमेव कृतिन् प्रत्ययान्तरूपाणि सर्वदा इडागमरहितानि एव दृश्यन्ते. गम् धातुतः गतिः, मन् धातुतः मतिः, स्था धातुतः स्थितिः, बुद्ध धातुतः बुद्धिः इत्यादीनि रूपाणि वयं जानीमः. क्तिन् प्रत्ययान्तपदानां प्रसङ्गे अपि इडागमः न दृश्यते. ल्युट् प्रसङ्गे किं स्मर्तव्यम्? आदेशानन्तरम् एव प्रत्ययस्य आदिमवर्णः द्रष्टव्यः इति स्मर्तव्यम् अस्ति. पाणिनिना आदेशः उक्तः चेत् आदेशानन्तरम् एव प्रत्ययस्य आदिमवर्णः द्रष्टव्यः. णुवल् प्रसङ्गे अपि तादृशं चिन्तनमेव करणीयम्. आदेशानन्तरं णुवल् प्रत्ययः अजादिः भवति, अजादिः अथवा अवलादिः भवति इति कारणतः णुवल् प्रत्ययान्तरूपेषु ल्युट् प्रत्ययान्तरूपेषु अनियर् प्रत्ययान्तरूपेषु इडागमः न दृश्यते. अनुबन्धलोपानन्तरम् आदेशानन्तरम् एते प्रत्ययाः अजादयः भवन्ति. अकारः वलि नास्ति इत्यतः अनिट् प्रत्ययाः भवन्ति इति मुख्या वार्ता. अन्तिमे परिच्छेदे अस्माकं पाठस्य सारांशः उक्तः. महोदय भवान् पठतु.
आद्य कृत् प्रत्ययः तिङ् प्रत्ययः च द्विविधाः, सार्वधातुकः आर्धधातुकः च. यत् प्रत्ययः सार्वधातुकः स च प्रत्ययः कृत्वा तिङ्वा भवतु, प्रक्रिया समाना. तथैव प्रत्ययः आर्धधातुकः चेत् स च प्रत्ययः कृत्वा तिङ्वा भवतु, प्रक्रिया समानाः. अतः धातुभ्यः प्रत्ययः यत्र विधीयते तत्र चिन्तनं केवलं द्विविधं, सार्वधातुकम् आर्धधातुकं च. तत्र च प्रत्ययः कृत् अथवा तिङ् इत्यनेन प्रक्रियायां भेदः नास्ति. अतः सार्वधातुकप्रक्रियायाम् अस्ति लट् लोट् लङ् विधिलिङ् शतृषाणच्, येषां कार्यं समानं विकरणप्रत्यय सहितत्वं. आर्धधातुकप्रक्रियायाम् अस्ति लृट् लृङ् लुट् लुङ् लिट् अशिलिङ् कृच् णोल् तव्यत् अनीय तवतु इत्यादयः. येषां कार्यं समानं विकरणप्रत्ययरहितत्वात् इडागम चिन्तनं सहितत्वाच्च इति कृत्प्रत्ययानां समग्रदृष्टिः. अत्र प्रत्ययानां द्विविधमिति वयं जानीमः, सार्वधातुक आर्धधातुक इति. अत्र सार्वधातुक प्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण वयं जानीमः किं सार्वधातुकमस्ति किम् आर्धधातुकमस्ति इति. तत्र कृत्प्रत्ययः अपि सार्वधातुकः भवितुमर्हति. यत् अशित् अस्ति चेत् तत्र यत्र शत्रुषाणि ते सर्वे शित् अस्ति अतः सार्वधातुकः भवति. अतः ते कृत् सार्वधातुकृत्प्रत्ययः अपि तत्र विधानं प्रक्रिया समानं भवति. यथा तिङ्प्रत्ययः अस्ति तादृशमेव शित् कृत्प्रत्ययः अपि तत्र प्रक्रिया समानं. तत्र विकरणप्रत्ययान्ति गणचिन्तनं भवति, तत्र गणविकरणप्रत्ययान्ति अतः समानं भवति. पुनः तत्र आर्धधातुकप्रत्यये तत्र यत् शित् नास्ति तत्र इडाग विकरणप्रत्ययः न भवति, तत्र इडागमस्य विचारः भवति. तत्रापि रूपाणि समानं भवति. यत् ते शित् कृत्प्रत्ययः नास्ति, अनन्तरम् आर्धधातुकलकारः यत् लट् लुङ् लुट् लुङ् लिट् अशिलिङ्ग् एते आर्धधातुकलकारः, अनन्तरम् आर्धधातुक अशित् कृत्प्रत्ययः त्रिचिनुव्यत्तनियर् एतेषां प्रक्रिया समानमेव भवति. अनन्तरं सार्वधातुकलकाराः सैके ये सन्ति लट् लोट् लङ् विधिलिङ्ग्, अनन्तरं सार्वधातुककृत्प्रत्ययः शित् शाणच् एतेषां रूपाणि प्रक्रिया समानं भवति इति. तत्र गणविकरणप्रत्ययः अस्ति, गणभेदः दृश्यते. परन्तु तत्र आर्धधातुकलकारे अनन्तरं त्रिच् नूल् तव्यत् इत्यत्र इडागमस्य विचारः भवति करणीयं. तत्र गणविकरणप्रत्ययः नास्ति परन्तु इडागमस्य विचारः भवति, तत्र प्रक्रिया समानं भवति इति अस्ति महोदय. अत्र
उत्तमं, साधु महोदय. तदेव परिच्छेदस्य पठनेन भवती किम् अवगतवती? सुजाता भगिनी भवती वदतु.
कृत् प्रत्यय प्रत्ययाः द्विविधाः भवति, कृत् प्रत्यय अन्तिम प्रत्ययाः, सार्वधातुक अर्धधातुक च. प्रत्यय सार्वधातुक भवति, अर्धधातुक अपि वर्तते. प्रत्यय सार्वधातुकः स च प्रत्यय सार्वधातुकप्रत्ययाः कृत् वा तिङ् वा भवितुम् अर्हति, प्रक्रिया तु समानमेव.
सार्वधातुकतिङ् प्रत्ययः इति कथनेन लट् लोट् लङ् विधिलिङ्ग् रूपाणि पश्यामः खलु. सार्वधातुककर्त्रर्धककृत् प्रत्ययः इति कथनेन शत्रु शाणच रूपाणि पश्यामः खलु.
आर्धधातुकः चेत् स च प्रत्ययः कृत्वा तिङ् वा भवतु प्रक्रिया समानमेव भवति, प्रक्रियाविधानं समानं भवति.
आर्धधातुकतिङ् प्रत्ययः इति कथनेन लृट् लकाररूपाणि, लृङ् लकाररूपाणि, लुट् लकाररूपाणि, लुङ् लकाररूपाणि, लिट् लकाररूपाणि, आशीर्लिङ् लकाररूपाणि, एतेषां प्रसङ्गे यादृशं चिन्तनं भवति तादृशं चिन्तनमेव आर्धधातुककृदन्तानां प्रसङ्गे अपि भवति. वदतु.
अतः धातुभ्यः प्रत्ययः यत्र विधीयते तत्र चिन्तनं केवलं द्विधं, सार्वधातुकम् आर्धधातुकं च.
इत्युक्ते प्रक्रिया द्विधा एव भवति, सा प्रक्रिया सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति एव आदौ द्रष्टव्यम्.
तत्र प्रत्ययः कृत् अथवा तिङ् इत्यनेन प्रक्रियायां भेदः नास्ति. कृत् प्रत्यय भवतु तिङ् प्रत्यय भवतु प्रक्रियायां भेदः न भवति. अतः सार्वधातुकप्रक्रियायाम् अस्ति चेत् सार्वधातुकप्रक्रियां लट् लोट् लङ् विधिलिङ्ग् शत्रुशान ये सार्वधातुकप्रक्रियायां
एतेषां रूपाणि सार्वधातुकप्रक्रियाम् उपयुज्य साधयितुं शक्नुमः.
येषां कार्यं समानं विकरणप्रत्ययस्य विकरणप्रत्ययसहितत्वात् सार्वधातुक विकरणप्रत्ययः अस्ति कर्तृक सार्वधातुकप्रत्ययः विधीयते.
एतेषां प्रसङ्गे कार्यं समानं किमर्थं चेत् विकरणप्रत्ययसहितत्वात् इत्युक्ते गणविकरणप्रत्ययः आयाति. एतेषां प्रसङ्गे कर्त्रार्थकसार्वधातुकप्रत्ययः धातोः परमस्ति इति कारणतः कर्त्रार्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य शत्रुषाणचोः प्रसङ्गे कर्तरिषप् आयाति. कर्तरिषप् आयाति चेत् कर्तरिषप् सूत्रं प्रबाध्य धातुगणम् अनुसृत्य अन्ये गणविकरणाः आयान्ति इति कृदन्तानां प्रसङ्गे चिन्तनमस्ति. किन्तु लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु धातुः साक्षात् कर्त्रार्थकसार्वधातुकतिङ् प्रत्ययं पश्यति, अतः एते चत्वारः लकाराः सार्वधातुकाः इति मातृभिः उक्तमस्ति. अग्रे
सार्वधातुकप्रक्रियायाम् अस्ति रुट् लुङ् लुट् लुङ् लिट् आशीर्लिङ् तृच् नूल् तव्यत् अनियर् तवतु इत्यादयः. येषां कार्यं समानं विकरणप्रत्ययरहितत्वात् इडागमचिन्तनसहितत्वात् च. आर्धधातुकप्रत्यय प्रत्यय लुट् लङ् आर्धधातुकप्रक्रियायां लुट् लङ् लुङ् लुङ् लुट् लिच् आशीर्लिङ् तृच् नुगुल् प्रत्यय सारे आर्धधातुकप्रक्रियायाम् इच्छ विधानं समानं भवति. किमर्थं चेत् विकरणप्रत्ययरहितत्वात् विकरणप्रत्यय नायाति इडागमचिन्तनं करणीयमेव.
साधु भगिनि बहु सम्यक् उक्तवती. लृट्टु लृङ्गु लुट्टु लुङ्गु लिट् आशीर्लिङ्ग्लकाराः एते लकाराः आर्धधातुकाः किमर्थम्? अञ्जलि भगिनि भवती एव वदतु, एते लकाराः किमर्थम् आर्धधातुकाः?
अस्मिन् लकारे तिङ् प्रत्ययस्य निर्माणसोपाना प्रसङ्गे कानि धातु अपि च तिङ् प्रत्ययः धातु साक्षात् तिङ् प्रत्ययः न पश्यति.
लृट् लकारे किं पश्यति धातुः? लृट् लकारे स्या इति अर्धधातुकप्रत्ययं पश्यति धातुः. प्रथमसोपाने एव स्यतासील् रूल् उटोः सूत्रेण स्या इति लकारनिमित्तिकवैकरणप्रत्ययः प्रथमसोपाने एव आगच्छति इति कारणतः लृट् लकारे धातुः स्या इति विकरणप्रत्ययं पश्यति. लृङ्लकारे किं भवति? लृङ्लकारे अपि स्यतासील् रूल् उटोः इति सूत्रेण स्या इति आर्धधातुक लकारनिमित्तिक विकरणप्रत्ययः प्रथमसोपाने एव आगत्य उपविशति इति कारणतः लृङ्लकारप्रसङ्गे अपि धातुः आर्धधातुक स्या इति विकरणप्रत्ययं पश्यति इति कारणतः सः लकारः आर्धधातुकः. लुट् लकारे किं भवति? लुट् लकारे, लुट् लकारे अपि स्यतासील् रूलुटोः इति सूत्रेण लुट् लकारे तास् इति आर्धधातुक लकारनिमित्तिक विकरणप्रत्ययः प्रथमसोपाने एव आगत्य उपविशति इति कारणतः धातुः तिङ् प्रत्ययं द्रष्टुं न शक्नोति. धातुः केवलं तास् इति लकारनिमित्तिकविकरणप्रत्ययं पश्यति. धातुना लकारनिमित्तिकविकरणप्रत्ययः दृश्यते, अतः सः लकारः आर्धधातुकलकारः. तत्रापि स्यतासील् रु लुटोः इति सूत्रं कार्यं करोति. लुङ् लकारे किं भवति?
लुङ् लकारे अपि
नरसिंहहेग्डे महोदय, भवान् वक्तुमिच्छति वा लुङ् लकारे किं भवति? किमर्थं लुङ् लकारः आर्धधातुकः?
तत्र विशिष्टसूत्रमस्ति, अत्र प्रत्यय आर्धातुक भवति. तत्र
चिलीलुङ्गि चिलीलुङ्गि इति एकं सूत्रमस्ति. तेन सूत्रेण लुङ् लकारे चिलि इति प्रत्ययः अस्ति. सः चिलि इति प्रत्ययः आर्धधातुकप्रत्ययः. धातुना साक्षात् आर्धधातुकप्रत्ययः दृश्यते. धातुः तिङ् प्रत्ययं द्रष्टुं न शक्नोति लुङ् लकारे. प्रथमसोपाने एव चिलीलुङ्गि इति सूत्रेण चिलि इति प्रत्ययः धातोः परम् आगत्य उपविशति. इत्युक्ते धातु तिङ् प्रत्ययोः मध्ये चिलि इति प्रत्ययः आयाति इति कारणतः लुङ् लकारः अपि आर्धधातुकः. लिट् लकारे किं भवति? आसीर्लिङ् लकारे किं भवति?
लिट् लकारे लिट् च इत्यनेन लिट् लकारस्य तिङ् प्रत्ययः आर्धधातुक भवति.
उत्तमं. वस्तुतः तिङ् प्रत्ययाः सर्वे तिंशित् सार्वधातुकं सूत्रेण सार्वधातुकाः एव, किन्तु अपवादसूत्रेण वदतु.
अपवादत्वेन लिट् च इत्यनेन लिट् लकारस्य तिङ् प्रत्ययः आर्धधातुक प्रत्ययः भवति
इति पाणिनिना साक्षात् उक्तमस्ति इति कारणतः लिट् लकारः अपि आर्धधातुकः. आशीर्लिङ्लकारे किं भवति? लिङ्गाशिषि सूत्रेण आशीर्लिङ्लकारे अपि तिङ् प्रत्ययाः आर्धधातुकाः भवन्ति इति साक्षात् पाणिनिना उक्तमस्ति. लिङ्गाशिषि इति सूत्रम् अपवादसूत्रमस्ति. अनेन अपवादसूत्रेण आशीर्लिङ्लकारे तिङ् प्रत्ययाः आर्धधातुकाः भवन्ति.
इत्युक्ते लिट् लकारे अपि आशीर्लिङ्लकारे पाणिनिना उक्ताः अस्ति इति कारणतः ते प्रत्ययाः आर्धधातुकप्रत्ययाः, ते तिङ् प्रत्ययाः आर्धधातुकप्रत्ययाः इति भवन्ति.
तिंशित् सार्वधातुकं सूत्रेण तिङ् प्रत्ययाः सर्वे सार्वधातुकाः एव, किन्तु लिट् च इति सूत्रेण लिट् लकारे, लिङ्गाशिषि सूत्रेण आशीर्लिङ्लकारे, अपवादसूत्रेण तिङ् प्रत्ययाः आर्धधातुकाः भवन्ति इति कारणतः एतत् लकारद्वयम् आर्धधातुकं भवति. इत्युक्ते आहत्य स्यतासील् रूलुटोः इति एकं सूत्रं, चिलीलुङ्गि इति अन्यत् सूत्रम्, अपि च लिट् च लिङ्गाशिषि इति सूत्रद्वयम्. एतेषां चतुर्णां सूत्राणाम् आधारेण लुट्टु लृङ्गु लुट्टु लुङ्गु लिट्टु आशीर्लिङ्गु एते सर्वे लकाराः आर्धधातुकाः भवन्ति. तृच्चि णुवुल्लु तव्यतु अनियरु क्तवतु एते के?
ते आर्धधातुक कृत् प्रत्ययः अस्ति, आर्धधातुकप्रत्ययः अस्ति. तिङ् नास्ति, शित् नास्ति इति कारणतः शेषः आर्धधातुकम् इत्यनेन तृच् रुल् तव्यत् अनियर्क्तवतु एते प्रत्ययाः आर्धधातुकप्रत्ययाः.
आर्धधातुकं शेषः सूत्रेण आर्धधातुकप्रत्ययाः भवन्ति. कृदतिङ् सूत्रेण अतिङ् प्रत्ययाः इति कारणतः कृत् प्रत्ययाः भवन्ति. सारांशः कः? आर्धधातुकप्रक्रियायाम् आर्धधातुक तिङन्तरूपसिद्धौ आर्धधातुक कृदन्तरूपसिद्धौ कार्यं समानम् अस्ति. किमर्थं कार्यं समानम् इत्युक्ते तत्र विकरणप्रत्ययः न आयाति, इडागमचिन्तनं भवति. विकरणप्रत्ययरहितत्वात् इडागमचिन्तनसहितत्वात्. अस्तु, वयं सम्यक् चिन्तनं कृतवन्तः. इदं करपत्रं समापितम्. अग्रिमे सप्ताहे मातुः पाठस्य वैलक्षण्यं, वैलक्षण्यम् इति पदमस्ति. वैलक्षण्यं भगिनी वदतु, तत् कीदृशं पदम्?
वैलक्षण्यं
विलक्षण इति प्रातिपदिकं स्वीकृत्य शञ् इति प्रत्ययस्य योजनेन वैलक्षण्यम् इति पदं साधितमस्ति. शञ् इति प्रत्ययः तद्धितप्रत्ययः. विलक्षणस्य भावः वैलक्षण्यम्. मातुः पाठस्य वैलक्षण्यम् इति नूतनपाठः आरप्स्यते. तत्र आरभ्यते इति लट्लकाररूपम्, आरप्स्यते इति लृट्लकाररूपमस्ति. किमर्थम् आरप्स्यते इत्यत्र इडागमः नास्ति? यद्यपि स्या प्रत्ययः इडनुकूलप्रत्ययः, लृट्लकारे स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. स्या इति प्रत्ययः आर्धधातुकप्रत्ययः, सकारादिप्रत्ययः, सकारः वलि अस्ति. सकारादिप्रत्ययः अस्ति चेत् इडागमयोग्यत्वमस्ति. तदर्थमेव पठिष्यति, खादिष्यति इत्यादीनि रूपाणि साधयितुं शक्नुमः. गमिष्यति इत्यस्मिन् प्रसङ्गे गम् धातुः अनिट् धातुः. गमेरिट् परस्मैपदेषु इति विशिष्टसूत्रेण गम् धातुः अनिट् धातुः एव, किन्तु इडागमः दृश्यते गमिष्यति इत्यत्र. तत्र विशिष्टं सूत्रमस्ति गमेरिट् परस्मैपदेषु इति सूत्रेण गमिष्यति इत्यत्र इडागमः दृश्यते. किन्तु पठिष्यति, खादिष्यति इत्यत्र धातुः अपि सेट् एव. आरप्स्यते इत्यत्र किम् अस्ति?
धातु अनिट् अस्ति वा?
धातुः अनिट् अस्ति, अतः इडागमः नास्ति. अग्रिमे सप्ताहे मातुः पाठस्य वैलक्षण्यम् इति नूतनपाठः आरप्स्यते. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.
धन्यवादः भगिनी.
धन्यवादः. नमस्कारः.
शुभदिनं, शुभरात्रिः.
धन्यवादः भगिनी.